शुक्लां वरधरं विष्णुं सिसिवर्णं चतुर्भुजं प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये। वन्दे गुरुपदद्वन्द्वं अवाङ्मानसगोचरं रक्तशुक्लप्रभामिश्रमतर्क्यं त्रैपुरं महः। अथ श्रीमद्वाल्मीकिरामायणे सुन्दरकाण्डे प्रथमःसर्गः। ततो रावणनेतायाः सीतायाः शत्रुकर्शनः येष पदमन्वेष्टुं चारणाचरिते पथि दुष्करं निष्प्रतिद्वन्द्वं चिकीर्षन् कर्म वानरः। समुदग्रशिरो ग्रीवो गवां पतिरिवा बभौ अथ वैदूर्यवर्णेषु स्याद्वलेषु महाबलः। धीरस्सलिलकल्पेषु विचचार यथा सुखं द्विजान् व्यत्रासयन् धीमान् वरसा पादपान् हरन् मृगांश्च सुबहून् निघ्नन् प्रवृद्धैव केसरी नीललोहितमाञ्जिष्ठ पत्रवर्णैः सितासितैः स्वभाव विहितैश्चित्रैः धातुभिः समलङ्कृतं कामरूपिभिराविष्टम् अभीक्षणं सपरिच्छदैः यक्षकिन्नरगन्धर्वैर्देवकल्पैश्च पन्नगैः। सतस्य गिरिवर्यस्य तले नागवरायुते तिष्ठन् कपिवरस्तत्र ह्रदे नाग इवा बभू। ससूर्याय महेन्द्राय पवनाय स्वयंभुवे भूतेभ्यश्चाञ्जलिं कृत्वा चकार गमने मतिम् अञ्जलिं प्राङ्मुखः कृत्वा पवनायात्मयोनये ततो हि वौर्ध्वे गन्तुं दक्षिणो दक्षिणां दिशं। प्लवगः प्रवरैर्दृष्टः प्लवने कृतनिश्चयः ववृधे रामवृद्ध्यर्थं समुद्र इव पर्वसु। निष्प्रमाणशरीरः सन् लिलङ्घैषुरन्नवं बाहुभ्यां पेडयामास चरणाभ्याञ्च पर्वतं। स चचालाचलश्चापि मुहूर्तं कपिपीडितः तरूणां पुष्पिताग्राणां सर्वं पुष्पमशातयत् तेन पादपमुक्तेन पुष्पौघेण सुगन्धिना। सर्वतः संवृतः शैलो बभौ पुष्पमयो यथा तेन चोत्तमवीर्येण पीड्यमानः स पर्वतः। सलिलं सम्प्रसुस्राव मदं मत्तयवद्व्यपः पीड्यमानस्तु बलिना महेन्द्रस्तेन पर्वतः। रीतिर्निर्वर्तयामास काञ्चनाञ्जनराजतीः मुमोच च शिलाः शैलो विशालाः समनःशिलाः मध्यमेनार्चिषा दुष्टो धूमराजीरिवानलः। गिरिणा पीड्यमानेन पीड्यमानानि सर्वतः गुहाविष्टानि भूतानि विनेदुर्विकृतैः स्वरैः। समहान् सत्त्वसन्नादः शैलपीडानिमित्तजः पृथिवीं पूरयामास दिशश्चोपवनानि च। शिरोभिः पृथिभिः सर्पा व्यक्तस्वस्तिकलक्षणैः वमन्तः पावकं घोरं ददंसुर्दशनैः शिलाः। तास्तदा सविषैर्दष्टाः कुपितैः तैः महाशिलाः। जज्ज्वलुः पावकोद्दीप्ता बिभिधुश्च सहस्रधा यानि चौषधजालानि तस्मिञ्जातानि पर्वते। विषघ्नान्यपि नागानां न सेकुः शमितुं विषम् भिद्यतेयं गिरिर्भूतैः इति मत्वा तपस्विनः। त्रस्ता विद्याधरास्तस्मात् उत्पेतु स्त्रीगणैः सह पानभूमिगतं हित्वा हैममा सवभाजनं पात्राणि च महार्हाणि करकांश्च हिरण्मयान् लेह्यानुच्चावचान् भक्ष्यान् मांसानि विविधानि च आर्षभाणि च चर्माणि खड्गांश्च कनकत्सरून् कृतकण्ठगुणाः क्षीवाः रक्तमाल्यानुलेपनाः रक्ताक्षाः पुष्कराक्षाश्च गगनं प्रतिपेदिरे। हारनूपुरकेयूर पारिहार्यधरास्त्रियः विस्मिताः सस्मितास्तस्थुः आकाशे रमणैः सह। दर्शयन्तो महाविद्यां विद्याधरमहर्षयः सहितास्तस्थुराकाशे वेक्षां चक्रुश्च पर्वतम्। शुश्रुवुश्च तदा शब्दं ऋषीणां भावितात्मनां चारणानाञ्च सिद्धानां स्थितानां विमलेऽम्बरे। एष पर्वतसङ्कासो हनुमान् मारुतात्मजः तितीर्षति महावेगः समुद्रं वरुणालयं रामार्थं वानरार्थञ्च चिकीर्षन् कर्मदुष्करं। समुद्रस्य परं पारं दुष्प्रापं प्राप्तुमिच्छति इति विद्याधरा श्रुत्वा वचस्तेषां महात्मनां तमप्रमेयं ददृशुः पर्वते वानरर्षभं दुधुवे च सरोमाणि चकम्पे चाचलोपमः ननादसुमहानादं सुमहानिवतो यदः आनुपूर्व्येण वृत्तञ्च लाङ्गोलं लोमभिश्चिरम् उत्पतिष्यन् विचक्षेप पक्षिराजयोरगम् तस्य लाङ्गोलमाविद्धम् आत्तवेगस्य पृष्ठतः ददृशे गरुडेनेव क्रियमाणो महोरगः बाहू समस्तं भयामास महापरिघसन्निभौ ससाद च कपिः कट्याम् चरणौ सञ्चुकोच च संहृत्य च भुजौ श्रीमान् तथैव च शिरोधराम् तेजः सप्तम् तथा वीर्यम् आविवेश सवीर्यवान् मार्गमालोकयन्तोरात् ओर्ध्वम् प्रणिहिते क्षणः रुरोध हृदये प्राणान् आकाशमवलोकयन् पद्भ्याम् दृढमवस्थानम् कृत्वा स कपिकुञ्जरः निकुञ्च कर्णौ हनुमान् उत्पतिष्यन् महाबलः वानरान् वानरश्रेष्ठ इदम् वचनमब्रवीत् यथा राघव निर्मुक्तः शरश्शसन विक्रमः गच्छेत्तद्वद् गमिष्यामि लङ्काम् रावणपालिताम् न हि द्रक्ष्यामि यदि ताम् लङ्कायाम् जनकात्मजाम् अनेनैव हि वेगेन गमिष्यामि सुरालयम् यदि वा त्रिदिवे सेताम् न द्रक्ष्याम्यकृतश्रमः बद्ध्वा राक्षसराजानम् आनयिष्यामि रावणम् सर्वथा कृतकार्योऽहम् येष्यामि सहसीतया आनयिष्यामि वा लङ्काम् समुत्पाट्य सरावणाम् एवमुक्त्वा तु हनुमान् वानरान् वानरोत्तमः उत्पपाथाथ वेगेन वेगवान् विचारयन् सुपर्णमिव चात्मानम् मेने स कपिकुञ्जरः समुत्पतति तस्मिंस्तु वेगात्ते नगरोहिणः संहृत्य विटपान् सर्वान् समुत्पेतुः समन्ततः स मत्तको यष्टिपकान् पादपान् पुष्पशालिनः उद्वहन्नूरुवेगेन जगाम विमलेऽम्बरे ऊरुवेगोत्थिता वृक्षा मुहूर्तम् कपिमन्वयुः प्रस्थितम् दीर्घमध्वानम् स्वबन्धुमिव बान्धवाः तमूरुवेगोन्मथिताः सालाश्चान्ये नवोत्तमाः अनुजग्मुर्हनूमन्तम् सैन्यायव महीपतिम् सुपुष्पिताग्रैर्बहुभिः पादपैरन्वितः कपिः हनुमान् पर्वताकारो बभूवद्भुतदर्शनः सारवन्थोतये वृक्षा न्यमज्जन् लवणाम्भसि भयादिव महेन्द्रस्य पर्वतावरुणालये स नानाकुसुमैः कीर्णैः कपिः साङ्कुरकोरकैः सुशुभे मेघसङ्काशः खज्जोतैरिव पर्वतः विमुक्तास्तस्य वेगेन मुक्त्वा पुष्पाणि ते द्रुमाः अवशीर्यन्त सलिले निवृत्ताः सुहृदो यथा लघुत्वेनोपपन्नम् तद्विचित्रम् सागरे पतत् द्रुमाणाम् विविधम् पुष्पम् कपिवायुसमीरितम् ताराजितमिवाकाशम् प्रबभौ स महार्णवः पुष्पौघेणानुबद्धेन नानावर्णेन वानरः बभौ मेघ इवाकाशे विद्युद्गणविभूषितः तस्य वेगसमुद्धोतैः पुष्पैस्तोयमदृश्यत ताराभिरभिरामाभिः उदिताभिरिवाम्बरम् तस्याम्बरगतौ बाहू ददृशाते प्रसारितौ पर्वताग्राद्विनिष्क्रान्तौ पञ्चास्याविव पन्नगौ पिबन्निव बभौ चापि सोर्मिजालम् महार्णवम् पिपासुरिव चाकाशम् ददृशे स महागपिः तस्य विद्युत्प्रभाकारे वायुमार्गानुसारिणः नयने विप्रकाशेते पर्वतस्थाविवानलौ पिङ्गे पिङ्गाक्षमुख्यस्य बृहती परिमण्डले चक्षुषी सम्प्रकाशेते चन्द्रसूर्या विबोधितौ मुखम् नासिकया तस्य ताम्रया ताम्रमा बभौ सन्ध्यया समभिस्पृष्टम् यथा तत्सूर्यमण्डलम् लाङ्गोलञ्च समाविद्धम् प्लवमानस्य शोभते अम्बरे वायुपुत्रस्य शक्रध्वजयोच्छ्रितः लाङ्गोलचक्रेण महान् शुक्लदंष्ट्रो निरात्मजः व्यरोचत महाप्राज्ञः परिवेशीव भास्करः स्फिग्धे शेराभिताम्रेण रराजस महाकपिः महतादारितेरेव गिरिर्गैरिकधातुना तस्य वानरसिंहस्य प्लवमानस्य सागरम् कक्षान्तरगतो वायुर्जीवोतयवगर्जति खे यथा नपतत्यल्का ह्युत्तरान्ताद्विनिःसृता दृश्यते सानुबन्धा च तथा स कपिकुञ्जरः पतत्पतङ्गसङ्कासो व्यायतः सुशुभे कपिः प्रवृद्धैव मातङ्गः कक्षया बध्यमानया उपरिष्टाच्छरीरेण छायया चावगाढया सागरे मारुताविष्टा नौरिवासीत्तदा कपिः यं यं देशं समुद्रस्य जगामसमहाकपिः सततस्याङ्गवेगेन सोन्मादयवलक्ष्यते सागरस्योर्विजालानाम् उरसा सैरवर्ष्मणाम् अभिघ्नौस्तु महावेगः पुप्लुवे स महाकपिः कपिवातश्च बलवान् मेघवातश्च निःसृतः सागरम् भीमनिर्घोषम् कम्पयामासतुर्भृशम् विकर्षन्नूर्विजालानि बृहन्ति लवणाम्भसि पुप्लुवे कपिशार्दूलो विकिरन्निवरोदसी मेरुमन्दरसङ्काशान् उद्घतान् समहार्णवे अच्चक्रामन् महावेगः तरङ्गान् गणयन्निव तस्य वेगसमुद्धूतम् जलम् सजलदम् तदा अम्बरस्थम् व्यबभ्राज शरदभ्रमिवाततम् तिमिरक्रजशाः कोर्मा दृश्यन्ते विवृतास्तदा वस्त्रापकर्षणेनेव शरीराणि शरीरिणाम् प्लवमानम् समीक्ष्याथ भुजगाः सागरालयाः व्योमृतम् कपिशार्दोलम् सुपर्ण इति मे निरे दशयोजनविस्तीर्णा त्रिंशद्योजनमायता छाया वानरसिंहस्य जले चारुतराभवत् श्वेताभ्रघनराजीव वायुपुत्रानुगामिनी तस्य सा सुशुभे छाया पतिता लवणाम्भसि सुशुभे स महातेज महाकायो महाकपिः वायुमार्गे निरालम्बे पक्षवानिव पर्वतः येनासौ याति बलवान् वेगेन कपिकुञ्जरः तेन मार्गेण सहसा द्रोणीकृतयवार्णवः आपाते पक्षिसङ्घानाम् पक्षिराजयव व्रजन् हनुमान् मेघजालानि प्रकर्षन् मारुतो यथा पाण्डुरारुणवर्णानि नीलमाञ्जिष्ठकानि च कपिनाकृष्यमाणानि महाभ्राणि चकासिरे प्रविशन्नभ्रजालानि निष्पतंश्च पुनः पुनः प्रच्छन्नश्च प्रकाशश्च चन्द्रमायव लक्ष्यते प्लवमानम् तु तम् दृष्ट्वा प्लवगम् त्वरितम् तदा ववर्षुः पुष्पवर्षाणि देवगन्धर्वदानवाः तताप न हि तम् सूर्यः प्लवन्तम् वानरोत्तमम् शिशेवे च तदा वायु रामकार्यार्थसिद्धये ऋषयस्तुष्टुवुश्चैनम् प्लवमानम् विहाय सा जगुश्च देवगन्धर्वाः प्रशंसन्तो महौजसम् नागाश्च तुष्टुवुर्यक्षा रक्षांसि विबुधाः खगाः प्रेक्ष्य सर्वे कपिवरम् सहसा विगतक्लमम् तस्मिन् प्लवगशार्दूले प्लवमाने हनुमति इक्ष्वाकुकुलमानार्थी चिन्तयामास सागरः साहाय्यम् वानरेन्द्रस्य यदि नाघम् हनूमतः करिष्यामि भविष्यामि सर्ववाच्यो विवक्षताम् अहमिक्ष्वाकुनाथेन सगरेण विवर्धितः इक्ष्वाकुसचिवश्चायम् नावसीदितुमर्हति तथा मया विधातव्यम् विश्रमेत यथा कपिः शेषम् च मयि विश्रान्तः सुखेनातितरिष्यति इति कृत्वा मतिम् साध्वीम् समुद्रश्छन्नमम्भसि हिरण्यनाभम् मैनाकम् उवाच गिरिसत्तमम् त्वमिहासुरसङ्घानाम् पातालतलवासिनाम् देवराज्ञा गिरिश्रेष्ठ परिघः सन्निवेशितः त्वमेषाम् जातवीर्याणाम् पुनरेवोत्पतिष्यताम् पातालस्याप्रमेयस्य द्वारमावृत्य तिष्ठसि तिर्यगोर्ध्वमधश्चैव शक्तिस्ते शैलवर्धितुम् तस्मात् सञ्चोदयामि त्वाम् उत्तिष्ठ गिरिसत्तम स एष कपिशार्दूलः त्वामुपर्येति वीर्यवान् हनुमान् रामकार्यार्थम् भेमकर्मा खमाप्लुतः अस्य साह्यम् मया कार्यम् इक्ष्वाकुकुलवर्तिनः मम हिक्ष्वाकवः पूज्याः परं पूज्यतमास्तव कुरु साचिव्यमस्माकं ननः कार्यमतिक्रमेत् कर्तव्यमकृतं कार्यं सतां मन्युमुदीरयेत् सलिलादोर्ध्वमुत्तिष्ठ तिष्ठत्वेषकपिस्त्वयि अस्माकमतिथिश्चैव पूज्यश्च प्लवतां वरः च्यामीकर महानाभ देवगन्धर्वसेवित हनुमांस्त्वयि विश्रान्तः ततः शेषं गमिष्यति स एष कपि शार्दूलः त्वामुपर्येति वीर्यवान् काकुत्सस्यामृशंस्यञ्च मैथिल्याश्च विवासनम् श्रमञ्च प्लवगेन्द्रस्य समीक्ष्योत्थातुमर्हसि हिरण्यनाभो मैनाको निशम्य लवणाम्भसः उत्पपातजलात्तोर्णम् महाद्रुवलतायुतः स सागरजलम् भ्यत्वा बभूवाभ्युद्यतस्तदा यथा जलधरम् भ्यत्वा दीप्तरश्मिर्दिवाकरः स महात्मा मुहूर्तेन पर्वतः सलिलावृतः दर्शयामास शृङ्गाणि सागरेण नियोजितः शातकुम्भनिभैः शृङ्गैः स किन्नरमुहोरगैः आदित्योदयसङ्काशैः उल्लिखद्भिरिवाम्बरम् तप्तजाम्बूनदैः शृङ्गैः पर्वतस्य समुत्थितैः आकाशम् शस्त्रसङ्काशम् अभवत् काञ्चनप्रभम् जातरूपमयैः शृङ्गैः भ्राजमानैः स्वयं प्रभैः आदित्यशतसङ्काशः शोभवद्गिरिसत्तमः तमुत्थितमसङ्गेन हनूमानग्रतस्थितम् मध्ये लवणतोयस्य विघ्नोऽयमिति निश्चितः सतमुच्छ्रितमत्यर्थम् महावेगो महाकपिः उरसा पातयामास जीमूतमिवमारुतः स तथा पातितस्तेन कपिना पर्वतोत्तमः बुद्ध्वा तस्य कपेर्वेगम् जहर्ष च ननन्द च तमाकाशगतम् वीरम् आकाशे समुपस्थितः प्रीतो हृष्टमनावाक्यम् अब्रवीत् पर्वतः कपिम् मानुषम् धारयन् रूपमात्मनस्य खरे स्थितः दुष्करम् कृतवान् कर्म त्वमिदम् वानरोत्तम निपत्य मम शृङ्गेषु विश्रमस्व यथा सुखम् राघवस्य कुले जातैः उदधिः परिवर्धितः स त्वाम् राम हिते युक्तम् प्रत्यर्चयति सागरः कृते च प्रतिकर्तव्यम् एष धर्मः सनातनः सोऽयम् त्वत्प्रतिकारार्थी त्वत्तः सम्मानमर्हति त्वन्निमित्तमनेनाहम् बहुमानात् प्रचोदितः तिष्ठ त्वम् कपि शार्दूल मयि विश्रम्य गम्यताम् योजनानाम् शतम् चापि कपिरेष क्षमाप्लुतः तव सानुषु विश्रान्तः शेषम् प्रक्रमतामिति तदिदम् गन्धवत्स्वादु कन्दमूलफलम् बहु तदा स्वाद्य हरिश्रेष्ठ विश्रान्तोऽनुगमिष्यसि अस्माकमपि सम्बन्धः कपि मुख्यत्वयास्ति वै प्रख्यातस्त्रिषु लोकेषु महागुणपरिग्रहः वेगवन्तः प्लवन्तो ये प्लवङ्गा मारुतात्मज तेषाम् मुख्यतमम् मन्ये त्वामहम् कपिपुञ्जर अतिथिः किल पूजारहः प्राकृतोऽपि विजानत धर्मम् जिज्ञासमानेन किम् पुनस्त्वादृशो महान् त्वम् हि देववरिष्ठस्य मारुतस्य महात्मनः पुत्रस्तस्यैव वेगेन सदृशः कपिकुञ्जर पूजिते त्वयि धर्मज्ञ पूजाम् प्राप्नोति मारुतः तस्मात् त्वम् पूजनीयो मे शृणु चाप्यत्र कारणम् पूर्वम् कृतयुगे तात पर्वताः पक्षिणो भवन् ते हि जग्मुर्दिशः सर्वा गरुडानिलवेगिनः ततस्तेषु प्रयातेषु देवसङ्घाः सहर्षिभिः भूतानि च भयम् जग्मुः तेषाम् पतनशङ्कया ततः क्रुद्धः सहस्राक्षः पर्वतानाम् शतक्रतुः पक्षांश्चिच्छेदवज्रेण तत्र तत्र सहस्रशः समामुपागतः क्रुद्धो वज्रमुद्यम्य देवराट् ततोऽहम् सहसा क्षिप्तः श्वसनेन महात्मना अस्मिन् लवणतोये च प्रक्षिप्तः प्लवगोत्तम गुप्तपक्षसमग्रश्च तव पित्राभिरक्षितः ततोऽहम् मानयामि त्वाम् मान्यो हि मम मारुत त्वया मे ह्येष सम्बन्धः कपि मुख्यमहागुणः तस्मिन्नेवम् गते कार्ये सागरस्य ममैव च प्रीतिम् प्रेतमनाः कर्तुम् त्वमर्हसि महाकपे श्रमम् मोक्षय पूजाञ्च गृहाणकपि सप्तम प्रीतिञ्च बहुमन्यस्व प्रीतोऽस्मि तव दर्शनात् एवमुक्तः कपिश्रेष्ठः तं नगोत्तममब्रवीत् प्रीतोऽस्मि कृतमातिथ्यं मञ्जुरेशोपनीयतां त्वरते कार्यकालो मे अहश्चाप्यतिवर्तते प्रतिज्ञा च मया दत्ता न स्थातव्यमिहान्तरे इत्युक्त्वा पाणिना शैलम् आलभ्य हरिपुङ्गवः जगामाकाशमाविश्य वीर्यवान् प्रहसन्निव सपर्वतसमुद्राभ्यां बहुमानादिवीक्षितः पूजितश्चोपपन्नाभिः आशीर्भिररिलात्मजः अथोऽर्ध्वं दोरमुत्प्लुत्य हित्वा शैलमहार्णवौ पितुः पन्थानमास्थाय जगाम विमलेऽम्बरे भूयश्चोर्ध्वं गतिं प्राप्य गिरिं तमवलोकयन् वायुसूनुर्निरालम्बे जगाम विमलेऽम्बरे तद्वितीयं हनुमतो दृष्ट्वा कर्मसु दुष्करं प्रशशंसुस्सुराः सर्वे सिद्धाश्च परमर्षयः देवताश्चाभवन् हृष्टाः तत्रस्थास्तस्य कर्मणा काञ्चनस्य सुनाभस्य सहस्राक्षश्च वासवः उवाच वचनं धीमान् परितोषात् सगद्गदं सुनाभं पर्वतश्रेष्ठं स्वयमेव शचीपतिः हिरण्यनाभशैलेन्द्र परितुष्टोऽस्मि ते भृशम् अभयं ते प्रयच्छामि तिष्ठ सौम्य यथा सुखम् साह्यं कृतं ते सुमहद्विक्रान्तस्य हनूमतः क्रमतो योजनशतं निर्भयस्य भये सति रामस्यैष हि दूत्येन याति दाशरथेर्हरिः सत्क्रियां कुर्वता तस्य तोषितोऽस्मि दृढं त्वया ततः प्रहर्षमगमत् विपुलं पर्वतोत्तमः देवतानां पतिं दृष्ट्वा परितुष्टं शतक्रतुं स वै दत्तवरःशैलो बभूवावस्थितस्तदा हनुमांश्च मुहूर्तेन व्यतिचक्रामसागरं ततो देवाः स गन्धर्वाः सिद्धाश्च परमर्षयः अब्रुवन् सूर्यसङ्काशां सुरसां नागमातरम् अयं वातात्मजः श्रीमान् प्लवते सागरोपरि हनुमान्नाम तस्य त्वं मुहूर्तं विघ्नमाचर राक्षसं रूपमास्थाय सुघोरं पर्वतोपमं दौष्ट्राकराळं पिङ्गाक्षं वक्त्रं कृत्वा नभस्समं बलमिच्छामहे ज्ञातुं भूयश्चास्य पराक्रमं त्वां विजेष्यत्युपायेन विषादं वागमिष्यति एवमुक्ता तु सा देवी दैवतैरभिसकृता समुद्रमध्ये सुरसा बिभ्रती राक्षसं वपुः विकृतञ्च विरूपञ्च सर्वस्य च भयावहं प्लवमानं हनूमन्तम् आवृत्येदमुवाचः मम पक्षः प्रतिष्ठस्त्वम् ईश्वरैः वानरर्षभ अहं त्वां भक्षयिष्यामि प्रविशेदं ममाननम् एवमुक्तः सुरसया प्राञ्जलिर्वानरर्षभः प्रहृष्टवदनश्रीमान् इदं वचनमब्रवीत् रामो दाशरथिर्नाम प्रविष्टो दण्डकावनं लक्ष्मणेन सह भ्रात्रा वैदेह्या चापि भार्यया अन्यकार्यविषक्तस्य बद्धवैरस्य राक्षसैः तस्य सीताहृता भार्या रावणेन यशस्विनी तस्याः सकाशं दूतोऽहं गमिष्ये रामशासनात् कर्तुमर्हसि रामस्य साह्यं विषयवासिनि अथवा मैथिलीं दृष्ट्वा रामं चाक्लिष्टकारिणम् आगमिष्यामि ते वक्त्रं सत्यं प्रतिशृणोमि ते एवमुक्ता हनुमता सुरसा कामरूपिणी अब्रवीन्नातिवर्त्यन्मां कश्चिदेशवरो मम तं प्रयान्तं समुद्वीक्ष्य सुरसा वाक्यमब्रवीत् बलं जिज्ञासमाना वै नागमाता हनूमतः प्रविश्य वदनं वेद्य गन्तव्यं वानरोत्तम वर एष पुरा दत्तो मम धात्रेति सत्तरा व्यादाय विपुलं वक्त्रं स्थिता सा मारुतेः पुरः एवमुक्तः सुरसया क्रुद्धो वानरपुङ्गवः अब्रवीत् कुरु वै वक्त्रं येन मां विषहिष्यसे इत्युक्त्वा सुरसां क्रुद्धो दशयोजनमायतः दशयोजनविस्तारो बभूव हनुमांस्तदा तं दृष्ट्वा मेघसङ्काशं दशयोजनमायतं चकारसुरसा चास्यं विंशद्योजनमायतं हनुमांस्तु ततः क्रुद्धः त्रिंशद्योजनमायतः चकारसुरसा वक्त्रं चत्वारिंशत्ततोच्छ्रितं बभूव हनुमान्वेरः पञ्चाशद्योजनोच्छ्रितः चकारसुरसा वक्त्रं षष्टियोजनमायतं तथैव हनुमान्वेरः सप्तति योजनोच्छ्रितः चकारस्वरसावक्त्रम् अशीति योजनायतम् हनुमानचलप्रख्यो नवति योजनोच्छ्रितः चकारस्वरसावक्त्रम् शतयोजनमायतम् तद्दृष्ट्वा व्याधितं त्वास्यं वायुपुत्रः सुबुद्धिमान् दीर्घजग्वं सुरसया सुघोरन्नरकोपमम् स्वसंक्षिप्यात्मनः कायम् बभूवाङ्गुष्ठमात्रकः सोऽभिपत्यासु तत्त्वत्रम् निष्पत्य च महाजवः अन्तरिक्षे स्थितः श्रीमान् इदं वचनमब्रवीत् प्रविष्टोऽस्मि हि ते वक्त्रम् दाक्षायणि नमोऽस्तु ते गमिष्ये यत्र वैदेही सत्यं चासीद्वरस्तव तं दृष्ट्वा वदनान्मुक्तं चन्द्रं राहुमुखादिव अब्रवीत्सुरसा देवी स्वेन रूपेण वानरम् अर्थसिद्ध्यै हरिश्रेष्ठ गच्छ सौम्य यथा सुखं समानयस्व वैदेहीं राघवेण महात्मना तत्तृतीयं हनुमतो दृष्ट्वा कर्मसु दुष्करं साधु साध्विति भूतानि प्रशसं सुस्तदा हरिं ससागरमनादृश्यम् अभ्येत्य वरुणालयं जगामाकाशमाविश्य वेगेन गरुडोपमः सेविते वारिधाराभिः पतगैश्च निषेविते चरिते कैशिकाचार्यैः ऐरावतनिषेविते सिंहकुञ्जरशार्दूल पतगोरगवाहनैः विमानैः सम्पतद्भिश्च विमलैः समलङ्कृते वज्राशरिसमाघातैः पावकैरुपशोभिते कृतपुण्यैः महाभागैः स्वर्गजिद्भिरलङ्कृते वहता हव्यमत्यर्थं सेविते चित्रभानुना ग्रहनक्षत्रचन्द्रार्कतारागणविभूषिते महर्षिगणगन्धर्वनागयक्षसमाकुले विविक्ते विमले विश्वे विश्वावसुनिषेविते देवराजगजाक्रान्ते चन्द्रसूर्यपथे शिवे वितने जेव लोकस्य वितते ब्रह्मनिर्मिते बहुशस्येविते वीरैः विद्याधरगणैर्वरैः जगाम वायुमार्गे तु गरुत्मानिव मारुतिः हनुमान् मेघजालानि प्रकर्षन् मारुतो यथा कालागरुसवर्णानि रक्तपेतसितानि च कपिनाकृष्यमाणानि महाभ्राणि चकासिरे प्रविशन्नभ्रजालानि निष्पतमश्च पुनः पुनः प्रावृषीन्दुरिवाभाति निष्पतन् प्रविशमस्तदा प्रदृश्यमानः सर्वत्र हनुमान् मारुतात्मजः भेजेऽम्बरं निरालम्बं लम्बपक्ष इवाद्रिराट् प्लवमानं तु तं दृष्ट्वा सिंहिका नाम राक्षसी मनसा चिन्तयामास प्रवृद्धा कामरूपिणी अद्य दीर्घस्य कालस्य भविष्याम्यहमासिता इदं हि मे महत्सत्त्वं चिरस्य वशमागतम् इति सञ्चिन्त्य मनसा छायामस्य समाक्षेपत् छायायां गृह्यमाणायां चिन्तयामास वानरः समाक्षिप्तोऽस्मि सहसा पङ्गो कृतपराक्रमः प्रतिलोमेन वातेन महानौरिवसागरे तिर्यगोर्ध्वमधश्चैव वेक्षमाणस्ततः कपिः ददर्श स महत्सत्त्वम् उत्थितम् लवणाम्भसि तद्दृष्ट्वा चिन्तयामास मारुतिर्विकृताननम् कपिराजेन कथितम् सत्त्वमद्भुतदर्शनम् छायाग्राहि महावीर्यम् तदिदम् नात्र संशयः सताम् बुद्ध्वार्थतत्त्वेन सिंहिकाम् मतिमान् कपिः व्यवर्धत महाकायः प्रावृषीव बलाहकः तस्य सा कायमुद्वीक्ष्य वर्धमानम् महाकपेः वक्त्रम् प्रसारयामास पाताळान्तरसन्निभम् घनराजीव गर्जन्ती वानरम् समभिद्रवत् स ददर्श ततस्तस्य विवृतम् सुमहन्मुखम् कायमात्रञ्च मेधावी मर्माणि च महाकपिः स तस्य विवृते वक्त्रे वज्रसंहननः कपिः सङ्क्षिप्य मुहुरात्मानम् निष्पपातमहाबलः आस्ये तस्यानमज्जन्तम् ददृशुः सिद्धचारणाः ग्रस्यमानम् यथा चन्द्रम् पूर्णम् पर्वणिराहुणा ततस्तस्यानखैस्तेक्ष्णैः मर्माण्युत्कृत्य वानरः उत्पपाधातवेगेन मनःसम्पातविक्रमः तान् तु दृष्ट्या च धृत्या च दाक्षिण्येन निपात्य च स कपिप्रवरो वेगात् ववृधे पुनरात्मवान् हृतहृत्सा हनुमता पपातविधुराम्भसि स्वयंभुवैव हनुमान् सृष्टस्तस्यानि पातने तां हतां वानरेणासु पतितां वीक्षसिंहिकां भूतान्याकाशचारिणी तमूचुः प्लवगोत्तमं भीममद्यकृतं कर्म महत्सत्त्वं त्वया हतं साधयार्थमभिप्रेतं अरिष्टं प्लवतां वर यस्य त्येतानि चत्वारि वानरेन्द्रयथा तव धृतिर्दृष्टिर्मतिर्दाक्ष्यं स्वकर्मसुनसीदति सतैः सम्भावितः पूज्यः प्रतिपन्नप्रयोजनः जगामाकाशमाविश्य पन्नगाशनवत्कपिः प्राप्तभूयिष्ठपारस्तु सर्वतः प्रतिलोकयन् योजनानां शतस्यान्ते वनराजिं ददर्श सः ददर्श च पतन्नेव विविधद्रुमभूषितं द्वीपं शाखामृगश्रेष्ठो मलयोपवनानि च सागरं सागरानोपं सागरानोपजान् द्रुमान् सागरस्य च पत्नीनां मुखान्यपि विलोकयन् समहामेघसङ्काशं समीक्ष्यात्मानमात्मवान् निरुन्धन्तमिवाकाशं चकारमतिमान्मतिं कायवृद्धिं प्रवेगञ्च मम दृष्ट्वैव राक्षसाः मयि कौतूहलं कुर्युः इति मेरे महाकपिः ततः शरीरं संक्षिप्य तन्महीधरसन्निभं पुनः प्रभृतिमापेदे वेतमोह इवात्मवान् तद्रूपम् अतिसंक्षिप्य हनुमान् प्रभृतौ स्थितः त्रीन् क्रमानिवविक्रम्य बलिवीर्यहरो हरिः सचारु नानाविधरोपधारी परं समासाद्य समुद्रतीरं परैरशक्यः प्रतिपन्नरूपः समीक्षितात्मा समवेक्षितार्थः ततः सलम्बस्य गिरे समृद्धे विचित्रकूटे निपपातकूटे सकेतकोतालकनाळिकेरे महाद्रिकोटप्रतिमो महात्मा ततस्तु सम्प्राप्य समुद्रतीरं समीक्ष्य लङ्कां गिरिवर्यमूर्ध्नि कपिस्तु तस्मिन् निपपातपर्वते विधूय रूपं व्यथयन् मृगद्विजान् ससागरं दानवपन्नगायुतं बलेन विक्रम्य महोर्विमालिनं निपत्य तीरे च महोदधेस्तदा ददर्श लङ्काम् अमरावतीमिव इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे प्रथमः सर्गः श्रीमत्सुन्दरकाण्डे द्वितीयः सर्गः ससागरमनादृश्यम् अतिक्रम्य महाबलः त्रिकूटशिखरे लङ्काम् स्थितां स्वस्थोददर्शः ततः पादपमुक्तेन पुष्पवर्षेण वीर्यवान् अभिवृष्टस्थितस्तत्र बभौ पुष्पमयो यथा योजनानां शतं श्रीमान् त्यक्त्वाप्युत्तमविक्रमः अनिश्यसन् कपिस्तत्र नग्लानिमधिगच्छति शतान्यहं योजनानां क्रमेयं सुबहून्यपि किं पुनः सागरस्यान्तं सङ्ख्यातं शतयोजनं स तु वीर्यवतां श्रेष्ठः प्लवतामपि चोत्तमः जगाम वेगवान् लङ्कां लङ्घयित्वा महोदधिं शार्द्वलानि च नीलानि गन्धवन्ति वनानि च गण्डवन्ति च मध्ये न जगाम नगवन्ति च शैलांश्च तरु सञ्छन्नान् वनराजीश्च पुष्पिताः अभिचक्राम तेजस्वी हनुमान् प्लवगर्षभः स तस्मिन्न चले तिष्ठन् वनान्युपवनानि च सनगाग्रे च तां लङ्कां ददर्श पवनात्मजः सरलान् कर्णिकारांश्च खर्जूरांश्च सुपुष्पितान् प्रियाळून् मुचुळिन्दांश्च कुटजान् केतकानपि प्रियङ्गून् गन्धपूर्णांश्च नेपान् सप्तच्छदांस्तथा असनान् कोविदारांश्च करवीरांश्च पुष्पितान् पुष्पभारनिबद्धांश्च तथा मुकुलितानपि पादपान् विहगाकीर्णान् पवनाधोतमस्तकान् हंसकारण्डवाकीर्णावापीः पद्मोत्पलायुताः आक्रीडान् विविधान् रम्यान् विविधांश्च जलाशयान् सन्ततान् विविधैर्वृक्षैः सर्वत्र फलपुष्पितैः उद्यानानि च रम्याणि ददर्श कपिकुञ्जरः समासाद्य च लक्ष्मीवान् लङ्कां रावणपालिताम् परिघाभिः सपद्माभिः सोत्पलाभिरलङ्कृताम् सीतापहरणार्थेन रावणेन सुरक्षिताम् समन्ताद्विचरद्भिश्च राक्षसैरुग्रदण्डिभिः काञ्चरेदावृतां रम्यां प्राकारेण महापुरीं गृहैश्च ग्रहसङ्काशैः शारदाम्बुदसन्निभैः पाण्डुराभिप्रतोळीभिः उच्चाभिरभिसंवृतां अट्टालकशताकीर्णां पताकाध्वजशोभितां तोरणैः काञ्चनैर्दिव्यैः लतापङ्क्तिविचित्रितैः ददर्श हनुमान् लङ्कां दिवि देवपुरीं यथा गिरिमूर्ध्नि स्थितां लङ्कां पाण्डुरैर्भवनैः शुभैः ददर्श स कपि श्रेष्ठः पुरमाकाशिकं यथा पालितां राक्षसेन्द्रेण निर्मितां विश्वकर्मणा प्लवमानामिवाकाशे ददर्श हनुमान् पुरीं वप्रप्राकारजघनां विपुलाम्बुनवाम्बरां शतघ्नीशोलकेशान्ताम् अट्टालकवतंसकां मनसेव कृतां लङ्कां निर्मितां विश्वकर्मणा द्वारमुत्तरमासाद्य चिन्तयामास वानरः कैलासशिखरप्रख्याम् आलिखन्तीमिवाम्बरं डीयमानामिवाकाशम् उच्छ्रितैः भवनोत्तमैः सम्पूर्णां राक्षसैः घोरैः नागैः भोगवतीमिव अचिन्त्यां सुकृतां स्पष्टां कुबेराध्युषितां पुरा दंष्ट्रिभिर्बहुभिः सोरैः सोलपट्टिसपाणिभिः रक्षितां राक्षसैः घोरैः गुहामासीविषैरिव तस्याश्च महतीं गुप्तिं सागरञ्च निरीक्ष्य सः रावणञ्च रिपुं घोरं चिन्तयामास वानरः आगत्यापीह हरयो भविष्यन्ति निरर्थकाः न हि युद्धेन वैलङ्का शक्या जेतुं सुरैरपि इमां तु विषमां दुर्गां लङ्कां रावणपालितां प्राप्यापि स महाबाहुः किं करिष्यति राघवः अवकाशो न सान्त्वस्य राक्षसेष्वभिगम्यते न दानस्य न भेदस्य नैव युद्धस्य दृश्यते चतुर्नामेव हि गतिर्वानराणां महात्मनां वारिपुत्रस्य नीलस्य मम राज्यस्य धीमतः यावज्जानामि वैदेहीं यदि जीवति वा न वा तत्रैव चिन्तयिष्यामि दृष्ट्वा तां जनकात्मजां ततः स चिन्तयामास मुहूर्तं कपिकुञ्जरः गिरिशृङ्गे स्थितस्तस्मिन् रामस्याभ्युदये रतः अनेन रूपेण मया न शक्या रक्षसां पुरी प्रवेष्टुं राक्षसैर्गुप्ता क्रोरैर्बलसमन्वितैः उग्रौजसो महावीर्या बलवन्तश्च राक्षसाः वञ्चनीया मया सर्वे जानकीं परिमार्गता लक्ष्यालक्ष्येण रूपेण रात्रौ लङ्कापुरी मया प्रवेष्टुं प्राप्तकालं मे कृत्यं साधयितुं महत् तां पुरीं तादृशीं दृष्ट्वा दुराधर्षां सुरासुरैः हनुमान् चिन्तयामास विनिश्चित्य मुहुर्मुहुः केनोपायेन पश्येयं मैथिलीं जनकात्मजाम् अदृष्टो राक्षसेन्द्रेण रावणेन दुरात्मना न विनश्येत् कथं कार्यं रामस्य विदितात्मनः एकामेकश्च पश्येयं रहिते जनकात्मजां भूताश्चार्था विपद्यन्ते देशकालविरोधिताः विक्लबन्धोतमासाद्यतमः सूर्योदये यथा अर्थानर्थान्तरे बुद्धिः निश्चितापि न शोभते घातयन्ति हि कार्याणि दोताः पण्डितमानिनः न विनश्येत् कथं कार्यं वैक्लव्यं न कथं भवेत् लङ्घनञ्च समुद्रस्य कथं नुनवृथा भवेत् मयि दृष्ट्या तु रक्षोभिः रामस्य विदितात्मनः भवेद्व्यर्थमिदं कार्यं रावणानर्थमिच्छतः न हि शक्यं क्वचित् स्थातुम् अविज्ञातेन राक्षसैः अपि राक्षसरूपेण किमु तान्येन केनचित् वायुरप्यत्र नाज्ञातः चिरेदिति मतिर्मम न ह्यस्त्यविदितं किञ्चित् राक्षसानां बलीयसाम् इहाहं यदि तिष्ठामि स्वेन रूपेण संवृतः विनाशमुपयास्यामि भर्तुरर्थश्च हीयते तदहं स्वेन रूपेण रजन्यां ह्रस्वताङ्गतः लङ्कामभिपतिष्यामि राघवस्यार्थसिद्धये रावणस्य पुरीं रात्रौ प्रविश्य सुदुरासदां विचिन्वन् भवनं सर्वं द्रक्ष्यामि जनकात्मजाम् इति निश्चित्य हनुमान् सूर्यस्यास्तमयं कपिः आचकाञ्चे तदा वीरो वैदेह्या दर्शनोत्सुकः सूर्ये चास्तं गते रात्रौ देहं संक्षिप्य मारुतिः पृषदंशकमात्रः सन् बभूवाद्भुतदर्शनः प्रदोषकाले हनुमान् तोर्णम उत्प्लुत्य वीर्यवान् प्रविवेश पुरीं रम्यां सुविभक्त महापथां प्रासादमाला वितताम् स्तंभैः काञ्चनराजतैः शातकुम्भमयैर्जालैः गन्धर्वनगरोपमां सप्तभौमाष्टभौमैश्च सददर्श महापुरीं तलैः स्फटिकसङ्कीर्णैः कार्तस्सरविभूषितैः वैदूर्यमणिचत्रैश्च मुक्ताजालविभूषितैः तलैः सुशुभिरेतानि भवनान्यत्र रक्षसाम् काञ्चनानि च चित्राणि तोरणानि च रक्षसाम् लङ्कामुद्योतयामासुः सर्वतः समलङ्कृताम् अचिन्त्यामद्भुताकाराम् दृष्ट्वा लङ्काम् महाकपिः आसीद्विषण्णो हृष्टश्च वैदेह्या दर्शनोत्सुकः सपाण्डुरोद्युद्धविमानमालिनीम् महार्हजाम्बूनदजालतोरणाम् यशस्विनीम् रावणबाहुपालिताम् क्षपाचरैर्भीमबलैः समावृताम् चन्द्रोऽपि साचिव्यमिवास्य कुर्वन् तारागणैर्मध्यगतो विराजन् ज्योत्स्नावितालेन वितत्य लोकम् उत्तिष्ठतेनैकसहस्ररश्मिः शङ्खप्रभम् क्षीरमृणालवर्णम् उद्गच्छमानम् व्यवभासमानम् ददर्श चन्द्रम् सहरिप्रवीरः पोप्रूयमानम् सरसीवहंसम् इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे द्वितीयसर्गः। अथ श्रीमत्सुन्दरकाण्डे तृतीयसर्गः। सलम्बशिखरे लम्बे लम्बतो यदसन्निभे सत्त्वमास्थाय मेधावी हनुमान् मारुतात्मजः निशिलङ्काम् महासत्त्वो विवेशकपिकुञ्जरः रम्यकाननतोयाढ्याम् पुरीम् रावणपालिताम् शारदाम्बुधरप्रख्यैः भवनैरुपशोभिताम् सागरोपमनिर्घोषाम् सागरानिलसेविताम् सुपुष्टफलसङ्घुष्टाम् यथैव विटपावतीम् चारुतोरणनिर्योहाम् पाण्डुरद्वारतोरणाम् भुजगाचरिताम् गुप्ताम् शुभाम् भोगवतीमिव ताम् सविद्युद्घनाकीर्णाम् ज्योतिर्गणनिषेविताम् मन्दमारुतसञ्चाराम् यथेन्द्रस्यामरावतीम् शातकुम्भेन महता प्राकारेणाभिसंवृताम् किङ्किणीजालघोषाभिपताकाभिरलङ्कृताम् आसाद्य सहसा हृष्टप्राकारमभिपेदिवान् विस्मयाविष्टहृदयः पुरीमालोक्य सर्वतः जाम्बूनदमयैः द्वारैः वैदूर्यकृतवेदिकैः वज्रस्फटिकमुक्ताभिः मणिकुट्टिमभूषितैः तप्तहाटकनिर्योहैः राजतामलपाण्डुरैः वैदूर्यकृतसोपानैः स्फाटिकान्तरपंसुभिः चारुसञ्जमनोपेतैः खमिवोत्पतितैः शुभैः क्रौञ्चबर्हिणसङ्घुष्टैः राजहंसनिषेवितैः तूर्याभरणनिर्घोषैः सर्वतः प्रतिनादिताम् वस्सौकसाराप्रतिमाम् ताम् वीक्ष्य नगरीन्ततः खमिवोत्पतिताम् लङ्काम् जहर्ष हनुमान् कपिः ताम् समीक्ष्य पुरीम् रम्याम् राक्षसाधिपतेऽशुभाम् अनुत्तमाम् रुद्धियुताम् चिन्तयामास वीर्यवान् नेयमन्येन नगरी शिक्या धर्षयितुम् बलात् रक्षिता रावणबलैः उज्जता युधधारिभिः कुमुदाङ्गदयोर्वापि सुषेणस्य महाकपेः प्रसिद्धेयम् भवेद्भूमिः मैन्दद्विदयोरपि विवस्वतस्तनूजस्य हरेश्च कुशपर्वणः वृक्षस्य केतुमालस्य मम चैव गतिर्भवेत् समीक्ष्यतु महाबाहो राघवस्य पराक्रमम् लक्ष्मणस्य च विक्रान्तम् अभवत्प्रीतिमान् कपिः ताम् रत्नवसरोपेताम् कोष्ठागारावतंसकाम् यन्त्रागारस्तनीम् वृद्धाम् प्रमदामिव भूषिताम् ताम् नष्टतिमिराम् देप्तैः भास्वरैश्च महागृहैः नगरीम् राक्षसेन्द्रस्य स ददर्श महाकपिः। अथ सा हरिशार्दोलम् प्रविशन्तम् महाबलम् नगरी स्वेन रूपेण ददर्श पवनात्मजम् सा तम् हरिवरम् दृष्ट्वा लङ्का रावणपालिता स्वयमेवोत्थिता तत्र विकृताननदर्शना पुरस्तात्कपिवर्यस्य वायुसूनो रतिष्ठत முஞ்சமானா மகானாதம் அப்ரவீத் பவனாத்மஜம் கஸ்த்வம் கேனச காரியேண இஹ ப்ராப்தோ வனாலய கதயஸ்வேஹ யத்தத்வம் யாவத் பிராணாதரந்தி தே நசிக்யம் கல்வியம் லங்கா பிரவேஷ்டும் வானரத்வய ரக்ஷிதா ராவணபலைஹி அபிகுப்தா சமந்தத அத தாமப்ரவீத்வீரோ ஹனுமான் அக்ரதஸ்திதாம் கதயிஷ்யாமி தே தத்வம் யன்மாம் த்வம் பரிபுருச்சசி காத்வம் விரூபநயனே புரத்வாரே வதிஷ்டசி கிமர்த்தஞ்சாபி மாம் ருத்வா நிர்பர்சயசி தாருணா ஹனுமத்வச்சனம் ஸ்ருத்வா லங்காச காமரூபிணி உவாச வச்சனம் க்ருத்தா பருஷம் பவனாத்மஜம் அஹம் ராட்சசராஜஸ்ய ராவணஸ்ய மகாத்மனஹ ஆஜ்ஞா பிரதீட்சா துர்தர்ஷ ரக்ஷாமி நகரீ மிமாம் நசிக்யா மாம் அவஜ்ஞாய பிரவேஷ்டும் நகரீ த்வயா அத்ய பிராணைஹி பரித்யக்தஹ ஸ்வப்ஸ்யசே நிஹதோ மயா அஹம் ஹி நகரீ லங்கா ஸ்வயமேவ ப்ரவங்கம சர்வதஃ பரிரக்ஷாமி ஹ்யேதத்தே கதிதம் மயா லங்காயா வச்சனம் ஸ்ருத்வா ஹனுமான் மாருதாத்மஜஹ யத்னவான் ஸ ஹரிஸ்ரேஷ்டஸ்தித சைலைவாபரஹ சதாம் ஸ்திரீரூப விகுருதாம் த்ருஷ்ட்வா வானர புங்கவஹ ஆவபாஷேத மேதாவி சத்வவான் ப்ளவகர்ஷபஹ த்ரக்ஷ்யாமி நகரீம் லங்காம் சாட்டப்ராகார தோரணாம் இத்யர்த்தமிஹ சம்ப்ராப்தஹ பரம் கௌதூஹலம் ஹி மே வனாஞ்சுபவனானீஹ லங்காயாஹ கானனானி ச சர்வதோ க்ருஹ முக்யானி த்ருஷ்டுமாகமனம் ஹி மே தஸ்ய தத்வச்சனம் ஸ்ருத்வா லங்காச காமரூபிணி பூய ஏவ புனர்வாக்யம் பபாஷே புருஷாட்சரம் மாம நிர்ஜித்ய துர்புத்தே ராட்சசே சிரபாலிதாம் நசிக்ய மச்சதே த்ருஷ்டும் புரீயம் வானராதம ததஸ்ஸ கபிசார்த்தூலஹ தாமுவாச நிசாச்சரீம் த்ருஷ்ட்வா புரீமிமாம் பத்ரே புனர்யாஸ்யே யதாகதம் ததஃ க்ருத்வா மகானாதம் சா வை லங்கா பயாவகம் தலேர வானரஸ்ரேஷ்டம் தாடயா மாசவேகித ததஸ்ஸ கபிசார்த்தூலோ லங்கையா தாடிதோ பிருஷம் நநாதச மகானாதம் வீரியவான் பவனாத்மஜ ததஸ் சம்வர்த்தயாமாச வாமஹஸ்தஸ்ய சோங்குளீஹி முஷ்டிநாபிஜகானைனாம் ஹனுமான் க்ரோதமூர்ச்சிதஹ ஸ்த்ரீசேதி மன்யமானேன நாதிக்ரோதஸ்வயங்க்ருதஹ சாது தேர பிரஹாரேண விஹ்வலாங்கீ நிசாச்சரி பபாத சஹசா பூமௌ விக்ருதானனதர்சனா ததஸ்து ஹனுமான் ப்ராஜ்ஞஹ தான் த்ருஷ்ட்வா விநிபாதிதாம் கிருபாஞ்சகார தேஜஸ்வி மஞ்சமானஸ்திரியந்துதாம் ததோ வை பிருஷசம் விக்னா லங்கா சா கத்கதாட்சரம் உவாச்சாகர்விதம் வாக்கியம் ஹனுமந்தம் பிரவங்கமம் பிரசீத சுமஹாபாஹோ த்ராயஸ்வ ஹரிசத்தம சமயே சௌம்ய திஷ்டந்தி சத்வவந்தோ மகாபலாஹ அஹந்து நகரீ லங்கா ஸ்வயமேவ பிரவங்கம நிர்ஜிதாஹம் த்வயா வீர விக்ரமேண மகாபல இதந்து தத்யம் சிருணுவை ப்ருவந்த்யா மே ஹரீஸ்வர ஸ்வயம்புவா புராதத்தம் வரதானம் யதா மம யதா த்வாம் வானரஹ கஷ்சித் விக்ரமாத் வசமானயேத் ததா த்வயா ஹி விஜ்ஞேயம் ரக்ஷசாம் பயமாகதம் சஹி மே சமய சௌம்ய ப்ராப்தோத்ய தவ தரிசனாத் ஸ்வயம்பூ விஹித சத்யோ நதஸ்யாஸ்தி வியதிக்ரம சேதா நிமித்தம் ராஜ்யஸ்து ராவணஸ்ய துராத்மனஹ ரக்ஷசாம் சைவ சர்வேஷாம் விநாசி சமுபாகதஹ தத்ப்ரவிஸ்ய ஹரிஸ்ரேஷ்ட புரீம் ராவண பாலிதாம் விதத்ஸ்வ சர்வ காரியாணி யானி யானீஹ வாஞ்சசி பிரவிஸ்ய சாபோபகதாம் ஹரீஸ்வர சுபாம் புரீம் ராட்சச முக்ய பாலிதாம் யதுச்சயா த்வம் ஜனகாத்மஜாம் சதீம் விமார்க்க சர்வத்ர கதோ யதா சுகம் இத்யார்ஷே ஸ்ரீமத் ராமாயணே வால்மீகியே ஆதிகாவியே சுந்தரகாண்டே திருதீய சர்கஹ அத ஸ்ரீமத் சுந்தரகாண்டே சதுர்த்த சர்கஹ சநிர்ஜித்ய புரீம் ஸ்ரேஷ்டாம் லங்காம் தாம் காமரூபிணீம் விக்ரமேண மகாதேஜா ஹனுமான் கபிசத்தமஹ அத்வாரேண மகாபாஹுஹு பிராகாரமபிபுப்ளுவே பிரவிஸ்ய நகரீம் லங்காம் கபிராஜஹிதங்கரஹ சிக்ரேத்த பாதம் சவ்யஞ்ச சத்ரூணாம் சதுமூர்த்தனி பிரவிஷ்டசத்த சம்பன்னோ நிசாயாம் மருதாத்மஜஹ சமஹாபதமாஸ்தாய முக்தா புஷ்ப விராஜிதம் ததஸ்துதாம் புரீம் லங்காம் ரம்யாமபியயோ கபிஹி ஹசிதோத்கிருஷ்ட நினதைஹி தூரிய கோஷ புரஸ்ஸரைஹி வஜ்ராங்குச நிகாசைஸ்ச वज्रजालविभूषितैः गृहमेघैः पुरी रम्या बभाषे द्यौरिवाम्बुदैः प्रज्ज्वालतदालङ्का रक्षो गणगृहैः शुभैः सिताभ्रसदृशैश्चत्रैः पद्मस्वस्तिकसंस्थितैः वर्धमानगृहैश्चापि सर्वतस्विभूषितैः ताम् चित्रमाल्याभरणाम् कविराजहितङ्करः राघवार्धम् चरन् श्रीमान् ददर्श चरणन्द च भवनाद्भवनम् गच्छन् ददर्श पवनात्मजः विविधाकृतिरूपाणि भवनानि ततस्ततः शुश्रावमधुरम् गीतम् त्रिस्थानस्वरभूषितम् स्त्रीणाम् मदसमृद्धानाम् दिवि चाप्सरसामिव शुश्रावकाञ्चीनिनदम् नूपुराणाञ्चनस्वनम् सोपाननिनदांश्चैव भवनेषु महात्मनाम् आस्फोटितनिनादांश्च क्ष्वेलितांश्च ततस्ततः शुश्रावजपताम् तत्र मन्त्रान् रक्षो गृहेषु वै स्वाध्यायनरतांश्चैव यातुधानान् ददर्श सः रावणस्तव संयुक्तान् गर्जतो राक्षसानपि राजमार्गम् समावृत्य स्थितम् रक्षो बलम् महत् ददर्श मध्यमे गुल्मे रावणस्य चरान् बहून् दीक्षितान् जटिलान् मुण्डान् गोजिराम्बर वाससः दर्भमुष्टिप्रहरणान् अग्निकुण्डायुधांस्तथा कोटमुद्गरपाणींश्च दण्डायुधधरानपि एकाक्षानेककर्णांश्च लम्बोदरपयोधरान् कराळान् भुग्रवक्त्रांश्च विकटान् वामनांस्तथा धन्विनः खड्गिनश्चैव शतघ्नीमुसलायुधान् परिहोत्तमहस्तांश्च विचित्रकवचोज्ज्वलान् नातिस्थूलान् नातिकृशान् नातिदीर्घातिह्रस्वकान् नातिगौरान् नातिकृष्णान् नातिकुब्जान् नवामनान् विरूपान् बहुरूपांश्च सुरूपांश्च सुवर्चसः ध्वजीन् पताकिनश्चैव ददर्श विविधायुधान् शक्तिवृक्षायुधांश्चैव पट्टिशाशनिधारिणः क्षेपणीपाशहस्तांश्च ददर्श स महाकपिः सृग्विणस्त्वनुलिप्तांश्च वराभरणभूषितान् नानावेशसमायुक्तान् यथा स्वैरगतान् बहून् तीक्ष्णसोलधरांश्चैव वज्रिणश्च महाबलान् शतसाहस्रमव्यग्रम् आरक्षम् मध्यमम् कपिः रक्षोऽधिपतिनिर्दिष्टम् ददर्शान्तःपुराग्रतः स तदा तद्गृहम् दृष्ट्वा महाहाटकतोरणम् राक्षसेन्द्रस्य विख्यातम् अद्रिमूर्ध्नि प्रतिष्ठितम् पुण्डरीकावतंसाभिः परिकाभिरलङ्कृतम् प्राकारावृतमत्यन्तम् ददर्श स महाकपिः त्रिविष्टपनिभन्दिव्यम् दिव्यनादनिनादितम् वाजिहेषितसङ्घुष्टम् नादितम् भूषणैस्तदा रथैर्यानैर्विमानैश्च तथा हयगजैस्वभैः वारणैश्च चतुर्दन्तैः श्वेताभरणिचयोपमैः भूषितम् रुचिरद्वारम् मत्तैश्च मृगपक्षिभिः रक्षितम् स्वमहावीरैः यातुधानैः सहस्रशः राक्षसाधिपतेर्गुप्तम् आविवेशगृहम् कपिः स हेमजाम्बूनदचक्रवालम् महारहमुक्तामणिभूषितान्तम् परार्थ्यकालागरुचन्दनाक्तम् स रावणान्तःपुरमाविवेश इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे चतुर्थः सर्गः अथ श्रीमत्सुन्दरकाण्डे पञ्चमः सर्गः ततः स मध्यम् गतमंसुमन्तम् ज्योत्स्नावितानम् महदुद्वमन्तम् ददर्श धीमान् दिवि भानुमन्तम् गोष्ठे वृषम् मत्तमिव भ्रमन्तम् लोकस्य पापानि विनाशयन्तम् मोहोदधिञ्चापि समेधयन्तम् भूतानि सर्वाणि विराजयन्तम् ददर्श सेताम् सुमथाभियान्तम् या भाति लक्ष्मीर्भुवि मन्दरस्था तथा प्रदोषेषु च सागरस्था तथैव तोयेषु च पुष्करस्था रराजसा चारुनिशाकरस्था हंसो यथा राजतपञ्जरस्थः सिंहो यथा मन्दरकन्दरस्थः वीरो यथा गर्वितकुञ्जरस्थः चन्द्रोऽपि बभ्राज तथाम्बरस्थः स्थितः ककुद्मानिव तीक्ष्णशृङ्गो महाचलस्येतयोच्च शृङ्गः हस्तीव जाम्बूनदबद्धशृङ्गो रराजचन्द्रः परिपूर्णशृङ्गः विनष्ट सीतांबु तुषार पंको महाग्रह ग्राह विनष्ट पंक प्रकाश लक्ष्म्याश्रिय निर्मलांको रराज चंद्रो भगवान शशांक शिलातलं प्राप्य यथा मृगेन्द्रो महारणं प्राप्य यथा गजेन्द्रः राज्यं समासाद्य यथा नरेन्द्रः तथा प्रकाशो विरराज चंद्रः प्रकाश चंद्रोदय नष्ट दोषः प्रवृत्त रक्षः पिशिताश दोषः रामाभिरामेरित चित्त दोषः स्वर्ग प्रकाशो भगवान प्रदोषः तंत्रीस्वनाः कर्ण सुखाः प्रवृत्ताः स्वपन्ति नार्यः पतिभिः सुवृत्ताः नक्तञ्चराश्चापि तथा प्रवृत्ता विहर्तुमच्चद्भुत रौद्रवृत्ताः मत्त प्रमत्तानि समाकुलानि रथास्य भद्रासन संकुलानि वीरश्रिया चापि समाकुलानि ददर्श धीमान् सकपिः कुलानि परस्परं चाधिकमाक्षिपन्ति भुजांश्च पेनानधि निक्षिपन्ति मत्त प्रलापानधि विक्षिपन्ति मत्तानि चान्योन्यमधिक्षिपन्ति रक्षांसि वक्षांसि च विक्षिपन्ति गात्राणि कांतासु च विक्षिपन्ति रूपाणि चित्राणि च विक्षिपन्ति दृढानि चापानि च विक्षिपन्ति ददर्श कांताश्च समालभन्त्यः तथा परास्तत्र पुनः स्वपन्त्यः सुरूपवक्त्राश्च तथा हसन्त्यः क्रुद्धाः पराश्चापि विनिश्यसन्त्यः महागजैश्चापि तथा नदद्भिः सुपूजितैश्चापि तथा सुसद्भिः रराजवेरैश्च विनिश्यसद्भिः हृदो भुजङ्गैरिव निश्यसद्भिः बुद्धिप्रधानान् रुचिराभिधानान् संश्रद्धधानान् जगतः प्रधानान् नानाविधानान् रुचिराभिधानान् ददर्श तस्याम् पुरियादुधानान् ननन्द दृष्ट्वा सचतान् सुरूपान् नानागुणानात्मगुणानुरूपान् विज्योतमानान् सततानुरूपान् ददर्श कांश्चिच्च पुनर्विरूपान् ततो वरार्हाः विशुद्धभावाः तेषाम् स्त्रियस्तत्र महानुभावाः प्रियेषु पानेषु च सक्तभावाः ददर्श तारा इव सुप्रभावाः श्रिया ज्वलन्ती स्तपयोपगूढा निशीथकाले रमणोपगूढाः ददर्श काश्चित् प्रमदोपगूढा यथा विहङ्गाः कुसुमोपगूढाः अन्याः पुनर्हर्व्य तदोपविष्टाः तत्र प्रियाङ्केषु सुखोपविष्टाः भर्तुः प्रिया धर्मपरा निविष्टाः ददर्श धीमान् मदनाभिविष्टाः अप्रावृताः काञ्चन राजिवर्णाः काश्चित् परार्थ्यास्तपनीयवर्णाः पुनश्च काश्चित् शिशलक्ष्मवर्णाः कान्तप्रहीणा रुचिराङ्गवर्णाः ततः प्रियान् प्राप्य मनोभिरामान् सुप्रीतियुक्ताः प्रसमीक्ष्य रामाः गृहेषु हृष्टाः परमाभिरामा हरिप्रवीरः सददर्श रामाः चन्द्रप्रकाशाश्च हि वक्त्रमालाः वक्राक्षिपक्ष्माश्च सुनेत्रमालाः विभूषणानां च ददर्शमालाः शतक्रदानाभिवचारुमालाः नत्वेव सीतां परमाभिजातां पतिस्थिते राजकुले प्रजातां लतां प्रफुल्लामिव साधुजातां ददर्श तन्वीं मनसाभिजातां सनातने वर्त्मनि सन्निविष्टां रामेक्षणां तां मदनाभिविष्टां भर्तुर्मनःश्रीमदनुप्रविष्टां स्त्रीभ्यो वराभ्यश्च सदा विशिष्टां उष्णार्दितां सानुसृतास्रकण्ठीं पुरा वरार्होत्तमनिष्ककण्ठीं सुजातपक्ष्मामभिरक्तकण्ठीं वने प्रनृत्तामिव नीलकण्ठीं अव्यक्तरेखामिव चन्द्ररेखां पांसुप्रदिग्धामिव हेमरेखां क्षतप्ररूढामिव बाणरेखां वायुप्रभिन्नामिव मेघरेखां सीतामपश्यन् मरुजेश्वरस्य रामस्य पत्नीं वदतां वरस्य बभूव दुःखाभिहतश्चरस्य प्लवङ्गमो मन्दैवाचरस्य इत्यार्षे श्रीमद् रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे पञ्चमः सर्गः अथ श्रीमत् सुन्दरकाण्डे षष्ठः सर्गः सनिकामं विमानेषु विषण्णः कामरूपधृक् विचचार पुनर्लङ्कां लाघवेन समन्वितः आससादाथ लक्ष्मीवान् राक्षसेन्द्रनिवेशनं प्राकारेणार्कवर्णेन भास्वरेणाभिसंवृतं रक्षितं राक्षसैः घोरैः सिंहैरिव महद्वनम् समीक्षमाणो भवनम् चकासे कपिकुञ्जरः रूप्यकोपहितैश्चत्रैः तोरणैः हेमभूषितैः विचित्राभिश्च कक्ष्याभिः द्वारैश्च रुचिरैरुतम् गजास्थितैर्महामात्रैः शूरैश्च विगतश्रमैः उपस्थितवसंहायैः हयैः स्यन्दनयायिभिः सिंहव्याघ्रतनुत्राणैः दान्तकाञ्चनराजतैः घोषवद्भिः विचित्रैश्च सदा विचरितम् रथैः बहुरत्नसमाकीर्णम् परार्थ्यासनभाजनम् महारथसमावासम् महारथमहास्वनम् दृश्यैश्च परमोदारैः तैस्तैश्च मृगपक्षिभिः विविधैः बहुसाहस्रैः परिपूर्णम् समन्ततः विनीतैः अन्तपालैश्च रक्षोभिश्च सुरक्षितम् मुख्याभिश्च वरस्त्रीभिः परिपूर्णम् समन्ततः मुदितप्रमदारत्नम् राक्षसेन्द्रनिवेशनम् वराभरणसंह्रादैः समुद्रस्वननिस्वनम् तद्राजगुणसम्पन्नम् मुख्यैश्चागरुचन्दनैः महाजनैः समाकीर्णम् सिंहैरिव महद्वनम् भेरीमृदङ्गाभिरुतम् शङ्खघोषनिनादितम् नित्यार्चितम् पर्वहुतम् पूजितम् राक्षसैः सदा समुद्रमिव गम्भीरम् समुद्रमिव निःस्वनम् महात्मनो महद्वेश्म महारत्नपरिच्छदम् महारत्नसमाकीर्णम् ददर्श स महाकपिः विराजमानम् वपुषा गजास्य रथसङ्कुलम् लङ्काभरणमित्येव सोमञ्जतमहाकपिः चचारहनुमांस्तत्र रावणस्य समीपतः गृहाद्गृहम् राक्षसानाम् उद्यानानि च वानरः वेक्षमाणो ह्यसन्त्रस्तः प्रासादांश्च चचारसः अवपृत्य महावेगः प्रहस्तस्य निवेशनम् ततोऽन्यत्पुप्लुवे वेश्म महापार्श्वस्य वीर्यवान् अथ मेघप्रतीकाशम् कुम्भकर्णनिवेशनम् विभीषणस्य च तदा पुप्लुवे स महाकपिः महोदरस्य च गृहम् विरूपाक्षस्य चैव हि विद्युज्जिह्वस्य भवनम् विद्युन्मालेस्तथैव च वज्रदंष्ट्रस्य च तथा पुप्लुवे स महाकपिः सुखस्य च महातेजाः सारणस्य च धीमतः तथा चेन्द्रजितो वेश्म जगामहर्योथपः जम्बुमालेः सुमालेश्च जगामहरिसत्तमः रश्मिकेतोश्च भवनम् सूर्यशत्रोस्तथैव च वज्रकायस्य च तथा पुप्लुवे स महाकपिः धूम्राक्षस्य च सम्पातेः भवनम् मारुतात्मजः विद्युद्रोपस्य भीमस्य घनस्य विघनस्य च सुकनासस्य वक्रस्य शठस्य विकटस्य च ह्रस्वकर्णस्य दंष्ट्रस्य रोमसस्य च रक्षसः युद्धोन्मत्तस्य मत्तस्य ध्वजग्रीवस्य नादिनः विद्युज्जिह्वेन्द्रजिह्वानाम् तथा हस्तिमुखस्य च कराडस्य पिशाचस्य सोणिताक्षस्य चैव हि क्रममाणः क्रमेणैव हनुमान् मारुतात्मजः तेषु तेषु महार्हेषु भवनेषु महायशाः तेषाम् वृद्धिमताम् वृद्धिम् ददर्श स महाकपिः सर्वेषाम् समतिक्रम्य भवनानि समन्ततः आससादाथ लक्ष्मीवान् राक्षसेन्द्रनिवेशनम् रावणस्योपशायिन्यो ददर्श हरिसत्तमः विचरन् हरिशार्दूलो राक्षसीः विकृतेक्षणाः सोलमुद्गरहस्ताश्च शक्तितोमरधारिणीः ददर्श विविधान् गोल्मान् तस्य रक्षःपतेर्गृहे राक्षसांश्च महाकायान् नानाप्रहरणोद्यतान् रक्तान् श्वेतान् सितांश्चैव हरींश्चापि महाजवान् कुलीनान् रूपसम्पन्नान् गजान् परगजारुजान् निष्ठितान् गजशिक्षायाम् ऐरावतसमान् युधि निहन्तॄन् परसैन्यानाम् गृहे तस्मिन् ददर्श सः क्षरतश्च यथा मेघान् सर्वतश्च यथा गिरिन् मेघस्तनितनिर्घोषान् दुर्धर्षान् समरे परैः सहस्रम् वाहिनीस्तत्र जाम्बूरदपरिष्कृताः हेमजालपरिच्छन्नाः तरुणादित्यसन्निभाः ददर्श राक्षसेन्द्रस्य रावणस्य निवेशने शिबिका विविधाकाराः स कपिर्मारुतात्मजः लतागृहाणि चित्राणि चित्रशालागृहाणि च क्रीडागृहाणि चान्यानि दारुपर्वतकानपि कामस्य गृहकम् रम्यम् दिवागृहकमेव च ददर्श राक्षसेन्द्रस्य रावणस्य निवेशने समन्दरगिरिप्रख्यम् मयूरस्थानसङ्कुलम् ध्वजयष्टिभिराकीर्णम् ददर्श भवनोत्तमम् अनेकरत्नसङ्कीर्णम् निधिजालम् समन्ततः धीरनिष्ठितकर्मान्तम् गृहम् भूतपतेरिव अर्चिर्भिश्चापि रत्नानाम् तेजसा रावणस्य च विरराजाथ तद्वेष्म रश्मिमानिवरश्मिभिः जाम्बूलतमयान्येव शयनान्यासनानि च भाजनानि च मुख्यानि ददर्श हर्योथपः मध्वासवकृतक्लेदम् मणिभाजनसङ्कुलम् मनोरममसम्बाधम् कुबेरभवनम् यथा नूपुराणाम् च घोषेण काञ्चीनाम् ननदेन च मृदङ्गतलघोषैश्च घोषवद्भिर्विनादितम् प्रासादसङ्घातयुतम् स्त्रीरत्नशतसङ्कुलम् सुव्योढकक्ष्यम् हनुमान् प्रविवेश महागृहम् इत्यार्षे श्रीमद् रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे षष्ठः सर्गः। अथ श्रीमत्सुन्दरकाण्डे सप्तमः सर्गः। सवेश्वजालम् बलवान् ददर्श व्यासक्तवैदूर्यसुवर्णजालम् यथा महत्प्रावृषिमेघजालम् विद्युत्पिनद्धम् सविहङ्गजालम् निवेशनानाम् विविधाश्च शालाः प्रधानशङ्खायुधचापशालाः मनोहराश्चापि पुनर्विशालाः ददर्शवेश्म्याद्रिषु चन्द्रशालाः गृहाणि नानावसुराजितानि देवासुरैश्चापि सुपूजितानि सर्वैश्च दोषैः परिवर्जितानि कपिर्ददर्शस्वबलार्जितानि तानि प्रयत्नाभिसमाहितानि मयेन साक्षादिव निर्मितानि महीतले सर्वगुणोत्तराणि ददर्शलङ्काधिपतेर्गृहाणि ततो ददर्शोच्छ्रितमेघरूपम् मनोहरम् काञ्चनचारुरूपम् रक्षोऽधिपस्यात्मबलानुरूपम् गृहोत्तमम् ह्यप्रतिरूपरूपम् महीतले स्वर्गमिव प्रकीर्णम् श्रियाज्वलन्तम् बहुरत्नकीर्णम् नानातरूणाम् कुसुमावकीर्णम् गिरेरिवाग्रम् रजसावकीर्णम् नारीप्रवेकैरिव दीप्यमानम् तटिद्भिरम्भोदवदर्च्यमानम् हंसप्रवेकैरिव बाह्यमानम् श्रियायुतङ्खे सुकृताम् विमानम् यथा नगाग्रम् बहुधातुचित्रम् यथा नभश्च ग्रहचन्द्रचित्रम् ददर्शयुक्तीकृतमेघचित्रम् विमानरत्नम् बहुरत्नचित्रम् महीकृता पर्वतराजिपूर्णा शैलाः कृता वृक्षवितानपूर्णाः वृक्षाः कृता पुष्पवितानपूर्णाः पुष्पम् कृतम् केसरपत्रपूर्णम् कृतानि वेश्म्यानि च पाण्डुराणि तथा सुपुष्पाण्यपि पुष्कराणि पुनश्च पद्मानि सकेसराणि धन्यानि चित्राणि तथा वनानि पुष्पाह्वयन्नामविराजमानम् रत्नप्रभाभिश्च विवर्धमानम् वेश्मोत्तमानामपि चोच्यमानम् महाकपिस्तत्र महाविमानम् कृताश्च वैडूर्यमया विहङ्गाः रूप्यप्रवाळैश्च तथा विहङ्गाः चित्राश्च नानावसुभिर्भुजङ्गाः जात्यानुरूपास्त्वरगाः सुभाङ्गाः प्रवाळजाम्बूनदपुष्पपक्षाः सलीलमावर्जितजिह्मपक्षाः कामस्य साक्षादिव भान्तिपक्षाः कृता विहङ्गास्सु मुखास्सु पक्षाः नियुज्यमानास्तु गजास्सु हस्ताः सकेसरास्त्वत्पलपत्रहस्ताः बभूव देवी च कृतासु हस्ता लक्ष्मीस्तथा पद्मिनि पद्महस्ता। इतीव तद्गृहमभिगम्य शोभनम् सविस्वयो नगमिव चालु शोभनम् पुनश्च तत्परम सुगन्धि सुन्दरम् हिमाक्यये नगमिव चालु कन्दरम् ततः सप्ताम् कविरभिपत्य पूजिताम् चरन् पुरीम् दशमुखबाहुपालिताम् अदृश्यत्ताम् जनकसुताम् सुपूजिताम् सुदुःखितः पतिगुणवेगनिर्जिताम् ततस्तदा बहुविधभावितात्मनः कृतात्मनो जनकसुताम् सुवर्त्मनः अपश्यतो अभवदतिदुःखितम् मनः सुचक्षुषः प्रविचरतो महात्मनः। इत्यार्षे श्रीमद् रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे सप्तमः सर्गः।
अथ श्रीवत् सुंदरकांडे अष्टमः सर्गः। सतस्य मध्ये भवनस्य संस्थितं महद्विमानं मणिवज्रचित्रितं प्रतप्त जाम्बूनदजाल कृत्रिमं ददर्श मेरः पवनात्मजः कपिः तदप्रमेया प्रतिकार कृत्रिमं कृतं स्वयं साध्विति विश्वकर्मणा दिवंगतं वायुपथ प्रतिष्ठितं व्यराजतादित्यपथस्य लक्ष्मवत् न तत्र किञ्चिन्न कृतं प्रयत्नतो न तत्र किञ्चिन्न महार्ह रत्नवत् न ते विशेषा नियतास्सुरेष्वपि न तत्र किञ्चिन्न महाविशेषवत् तपः समाधान पराक्रमार्जितं मनः समाधान विचारचारिणम् अनेक संस्थान विशेष निर्मितं ततस्ततस्तुल्य विशेष दर्शनं मनः समाधाय तु शीघ्रगामिनं दुरावरं मारुततुल्यगामिनं महात्मनां पुण्यकृतां महर्थिनां यशस्विनामग्र्यमुदामिवालयम् विशेषमालम्ब्य विशेष संस्थितं विचित्रकोटं बहुकूटमण्डितं मनोभिरामं शरदिन्दुनिर्मलं विचित्रकोटं शिखरं गिरेर्यथा वहन्ति यं कुण्डलशोभिताननाः महाशना व्योमचरा निशाचराः विवृत्तविध्वस्तविशालोचनाः महाजवाभूतगणाः सहस्रशः वसन्तपुष्पोत्करचारुदर्शनम् वसन्तमासादपि कान्तदर्शनम् सपुष्पकं तत्र विमानमुत्तमम् ददर्श तद्वानरवीरसत्तमः। इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे अष्टमः सर्गः। अथ श्रीमत्सुन्दरकाण्डे नवमः सर्गः। तस्यालयवरिष्ठस्य मध्ये विपुलमायतं ददर्श भवनश्रेष्ठं हनुमान् मारुतात्मजः। अर्धयोजनविस्तीर्णमायतं योजनं महत् भवनं राक्षसेन्द्रस्य बहुप्रासादसङ्कुलं मार्गमाणस्तु वैदेहीं सीतामायतलोचनां। सर्वतः परिचक्राम हनुमानरिशोदनः उत्तमं राक्षसावासं हनुमानवलोकयन् आससादाथ लक्ष्मीवान् राक्षसेन्द्रनिवेशनं चतुर्विषाणैः द्विरदैः त्रिविषाणैस्तथैव च परिक्षिप्तमसंवादं रक्ष्यमाणमुदायुधैः राक्षसीभिश्च पत्नीभिः रावणस्य निवेशनं आहृताभिश्च विक्रम्य राजकन्याभिः आवृतं तन्न क्रमकराकीर्णं तिमिङ्गलझषाकुलं वायुवेगसमाधोतं पन्नगैरिवसागरं याहि वैश्रवणे लक्ष्मीः याचेन्द्रे हरिवाहने सा रावणगृहे सर्वा नित्यमेवानपायिनी या च राज्ञः कुबेरस्य यमस्य वरुणस्य च तादृशी तद्विशिष्टा वा रुद्धि रक्षो गृहेष्विह। तस्य हर्म्यस्य मध्यस्थं वेश्विचान्यत्सुनिर्मितं बहुनिर्योहसङ्कीर्णं ददर्श पवनात्मजः। ब्रह्मणोऽर्थे कृतं दिव्यं दिवि यद्विश्वकर्मणा विमानं पुष्पकं नाम सर्वरत्नविभूषितं परेण तपसा लेभे यत्कुबेरः पितामहात्। कुबेरमोदिसाजत्वा लेभे तद्राक्षसेश्वरः ईहामृगसमायुक्तैः कार्तस्वरहिरण्मयैः सुकृतैराचितं स्तम्भैः प्रदीप्तमिव च श्रिया मेरुमन्दरसङ्काशैः उल्लिखद्भिः इव अम्बरं कोटागारैः सुभागारैः सर्वतः समलङ्कृतं ज्वलनार्कप्रतीकाशं सुकृतं विश्वकर्मणा। हेमसोपानसंयुक्तं चारुप्रवरवेदिकं जालवातायनैर्युक्तं काञ्चनैस्फाटिकैरपि यन्द्रनीलमहानीलमणिप्रवरवेदिकं विद्रुमेण विचित्रेण मणिभिश्च महाधनैः निस्तुलाभिश्च मुक्ताभिः तदेनाभिविराजितं चन्दनेन च रक्तेन तपनीयनिभेन च सुपुण्यगन्धिना युक्तम् आदित्यतरुणोपमं कोटागारैर्वराकारैः विविधैः समलङ्कृतं विमानं पुष्पकं दिव्यम् आरुरोह महाकपिः। तत्रस्थः स तदा गन्धं पानभक्ष्यान्नसम्भवं दिव्यं सम्मूर्छितं जघ्रत् रूपवन्तमिवानिलं सगन्धस्थं महासत्त्वं बन्धुर्बन्धुमिवोत्तमं यतयैः इत्युवाचेव तत्र यत्र स रावणः। ततस्तां प्रस्थितस्यालां ददर्श महतीं शुभां रावणस्य मनःकान्तां कान्तामिववरस्त्रियं मणिसोपानविकृतां हेमजालविभूषितां स्फाटिकैरावृततलां दन्तान्तरितरूपिकां ಮುಕ್ತಾಭಿಶ್ಚ ಪ್ರವಾಳೈಶ್ಚ ರೂಪ್ಯ ಚಾಮೀಕರೈರಪಿ ವಿಭೂಷಿತಾಂ ಮಣಿಸ್ತಂಭೈ ಸ್ವಬಹು ಸ್ತಂಭಭೂಷಿತಾಂ ಸಮೈಹಿ ರುಜುಭಿರತ್ಯುಚ್ಚೈಹಿ ಸಮಂತಾತ್ ಸುವಿಭೂಷಿತೈಹಿ ಸ್ತಂಭೈಹಿ ಪಕ್ಷೈರಿವಾತ್ಯುಚ್ಚೈಹಿ ದಿವಂ ಸಂಪ್ರಸ್ಥಿತಾಮಿವ ಮಹತ್ಯಾ ಕ್ವಥಯಾಸ್ತೀರ್ಣಾಂ ಪೃಥಿವೀ ಲಕ್ಷಣಾಂಕಯ ಪೃಥಿವೀಮಿವ ವಿಸ್ತೀರ್ಣಾಂ ಸರಾಷ್ಟ್ರಗೃಹಮಾಲಿನೀಂ ನಾದಿತಾಂ ಮತ್ತ ವಿಹಗೈಹಿ ದಿವ್ಯಗಂಧಾಧಿವಾಸಿತಾಂ ಪರಾರ್ಥ್ಯಾಸ್ತರಣೋಪೇತಾಂ ರಕ್ಷೋಧಿಪನಿಷೇವಿತಾಂ ಧೂಮ್ರಾಮಗರಧೂಪೇನ ವಿಮಲಾಂ ಹಂಸಪಾಂಡುರಾಂ ಚಿತ್ರಾಂ ಪುಷ್ಪೋಪಹಾರೇಣ ಕಲ್ಮಾಶೀಮಿವ ಸುಪ್ರಭಾಂ ಮನಸ್ಸಂಹ್ಲಾದ ಜನನೀಂ ವರ್ಣಸ್ಯಾಪಿ ಪ್ರಸಾದಿನೀಂ ತಾಂ ಶೋಕನಾಶಿನೀಂ ದಿವ್ಯಾಂ ಶ್ರಿಯಸ್ಸಂಜನನೀಮಿವ ಇಂದ್ರಿಯಾಣೀಂದ್ರಿಯಾರ್ಥೈಸ್ತು ಪಂಚ ಪಂಚಭಿರುತ್ತಮೈಹಿ ತರ್ಪಯಾಮಾಸ ಮಾತೇವ ತದಾ ರಾವಣಪಾಲಿತಾ ಸ್ವರ್ಗೋಯಂ ದೇವಲೋಕೋಯಂ ಯಂದ್ರಸ್ಯೇಯಂ ಪುರಿ ಭವೇತ್ ಸಿದ್ಧಿರ್ವೇಯಂ ಪರಾಹಿ ಸ್ಯಾತ್ ಇತ್ಯಮಂಜತ ಮಾರುತಿ ಪ್ರಧ್ಯಾಯತೆ ವಾಪಶ್ಯತ್ ಪ್ರದೀಪ್ತಾಂಸ್ತತ್ರ ಕಾಂಚನಾನ್ ಧೋರ್ತಾನಿವ ಮಹಾಧೋರ್ತೈಃ ದೇವನೇನ ಪರಾಜಿತಾನ್ ದೇಪಾನಾಂಚ ಪ್ರಕಾಶೇನ ತೇಜಸಾ ರಾವಣಸ್ಯ ಚ ಅರ್ಚಿರ್ಭಿರ್ಭೂಷಣಾನಾಂಚ ಪ್ರದೀಪ್ತೇತ್ಯಭ್ಯಮಂಜತ ತಥೋಪಶ್ಯತ್ ಕುಥಾಸೇನಂ ನಾನಾವರ್ಣಾಂಬರಸ್ರಜಂ ಸಹಸ್ರಂ ವರ್ಣಾರೀಣಾಂ ನಾನಾವೇಷವಿಭೂಷಿತಂ ಪರಿವೃತ್ತೇರ್ಧರಾತ್ರೇತು ಪಾನನಿದ್ರಾವಶಂಗತಂ ಕ್ರೀಡಿತ್ವಪರತಂ ರಾತ್ರೌ ಸುಶ್ವಾಪಬಲವತ್ತದಾ ತತ್ಪ್ರಸುಪ್ತಂ ವಿರುರುಚೇ ನಿಶ್ಶಬ್ದಾಂತರಭೂಷಣಂ ನಿಶ್ಶಬ್ದಹಂಸಭ್ರಮರಂ ಯಥಾ ಪದ್ಮವನಂ ಮಹತ್ ತಾಸಾಂ ಸಂವೃತದಂತಾನಿ ಮೀಲಿತಾ ಕ್ಷೀಣಿಮಾರುತಿಃ ಅಪಶ್ಯತ್ ಪದ್ಮಗಂಧೀನಿ ವದನಾನಿ ಸುಯೋಷಿತಾಂ ಪ್ರಬುದ್ಧಾನಿವ ಪದ್ಮಾನಿ ತಾಸಾಂ ಭೂತ್ವಾ ಕ್ಷಪಾಕ್ಷಯೇ ಪುನಃಸಂವೃತ ಪತ್ರಾಣಿ ರಾತ್ರಾವಿವ ಬಭುಸ್ತದಾ ಇಮಾನಿ ಮುಖಪದ್ಮಾನಿ ನಿಯತಂ ಮತ್ತಷಟ್ಪದಾಃ ಅಂಬುಜಾನಿವ ಫುಲ್ಲಾನಿ ಪ್ರಾರ್ಥಯಂತಿ ಪುನಃ ಪುನಃ ಇತಿ ಚಾಮಂಜತ ಶ್ರೀಮಾನ್ ಉಪಪತ್ಯ ಮಹಾಕಪಿಃ ಮೇನೇಹಿ ಗುಣತಸ್ತಾನಿ ಸಮಾನಿ ಸಲಿಲೋದ್ಭವೈಃ ಸಾತಸ್ಯ ಸುಶುಭೇ ಶ್ಯಾಲಾ ತಾಭಿಸ್ತ್ರೀಭಿರ್ವಿರಾಜಿತ ಶಾರದೇವ ಪ್ರಸನ್ನಾದ್ಯೌಃ ತಾರಾಭಿರಭಿಶೋಭಿತ ಸಚತಾಭಿ ಪರಿವೃತಃ ಸುಶುಭೇ ರಾಕ್ಷಸಾಧಿಪಃ ಯಥಾ ಚುಡುಪತಿ ಶ್ರೀಮಾನ್ ತಾರಾಭಿರಭಿಸಂವೃತಃ ಯಾಶ್ಚ ವಂತ್ಯಂಬರಾತ್ತಾರಾಃ ಪುಣ್ಯಶೇಷ ಸಮಾವೃತಃ ಯಮಾಸ್ತಾಸ್ಸಂಗತಾ ಕೃತ್ಸ್ನ ಇತಿ ಮೇನೇ ಹರಿಸ್ತದಾ ತಾರಾಣಾಮಿವ ಸುವ್ಯಕ್ತಂ ಮಹತೀನಾಂ ಸುಭಾರ್ಚಿಷಾಂ ಪ್ರಭಾವರ್ಣ ಪ್ರಸಾದಾಶ್ಚ ವಿರೇಧುಸ್ತತ್ರ ಯೋಷಿತಾಂ ವ್ಯಾವೃತ್ತ ಗುರುಪೇನ ಸೃಕ್ ಪ್ರಕೀರ್ಣ ವರಭೂಷಣಾಃ ಪಾನವ್ಯಾಯಾಮ ಕಾಲೇಷು ನಿದ್ರಾಪಹೃತಚೇತಸಃ ವ್ಯಾವೃತ್ತತಿಲಕಾಃ ಕಾಶ್ಚಿತ್ ಕಾಶ್ಚಿದುದ್ಭ್ರಾಂತನೂಪುರಾಃ ಪಾರ್ಶ್ವೇ ಗಳಿತಹಾರಾಶ್ಚ ಕಾಶ್ಚಿತ್ ಪರಮಯೋಷಿತಃ ಮುಕ್ತಾಹಾರಾವೃತಾಶ್ಚಾನ್ಯಾಃ ಕಾಶ್ಚಿದ್ ವಿಸ್ರಸ್ತವಾಸಸಃ ವ್ಯಾವಿದ್ಧರ ಶನಾದಾಮಾಃ ಕಿಶೋರ್ಯ ವಿವಾಹಿತಃ ಸುಕುಂಡಲಧರಾಶ್ಚಾನ್ಯಾ ವಿಚ್ಛಿನ್ನ ಮೃದಿತಸ್ರಜಃ ಗಜೇಂದ್ರ ಮೃದಿತಃ ಫುಲ್ಲಾ ಲತಾ ಯವ ಮಹಾವನೆ ಚಂದ್ರಾಂಸುಕಿರಣಾಭಾಶ್ಚ ಹಾರಾಃ ಕಾಸಾಂಚಿದುತ್ಕಟಾಃ ಹಂಸಾಯವ ಬಭುಸುಪ್ತಾಃ ಸ್ತನಮಧ್ಯೇಷು ಯೋಷಿತಾಂ ಅಪರಾಸಾಂಚ ವೈಡೂರ್ಯಾಃ ಕಾದಂಬಾಯವ ಪಕ್ಷಿಣಃ ಹೇಮಸೂತ್ರಾಣಿ ಚಾನ್ಯಾಸಾಂ ಚಕ್ರವಾಕಾ ಇವಾಭವನ್ ಹಂಸಕಾರಂಡವಾಕೀರ್ಣಾಃ ಚಕ್ರವಾಕೋಪಶೋಭಿತಾಃ ಆಪಗಾಯವತಾ ರೇಜುಃ ಜಘನೈಃ ಪುರಿಣೈರಿವ ಕಿಂಕಿಣೀಜಾಲಸಂಕೋಶಾಃ ತಾ ಹೈಮ ವಿಪುಲಾಂಬುಜಾಃ ಭಾವಗ್ರಾಹಾ ಯಶಸ್ತೇರಾಃ ಸುಪ್ತಾ ನದ್ಯ ಇವಾ ಬಭುಃ ಮೃದುಷ್ವಂಗೇಷು ಕಾಸಾಂಚಿತ್ ಕುಚಾಗ್ರೇಷು ಚ ಸಂಸ್ಥಿತಾಃ ಬಭೂವುರ್ಭೂಷಣಾನೀವ ಸುಭಾಭೂಷಣರಾಜಯಃ ಅಂಸುಕಾಂತಾಶ್ಚ ಕಾಸಾಂಚಿತ್ ಮುಖಮಾರುತಕಂಪಿತಾಃ ಉಪರ್ಯುಪರಿ ವಕ್ತ್ರಾಣಾಂ ವ್ಯಾಧೂಯಂತೆ ಪುನಃ ಪುನಃ ತಾಃ ಪತಾಕಾ ಇವೋದ್ಧೂತಾಃ ಪತ್ನೀನಾಂ ರುಚಿರಪ್ರಭಾಃ ನಾನಾವರ್ಣ ಸುವರ್ಣಾನಾಂ ವಕ್ತ್ರಮೂಲೇಷು ರೇಜಿರೇ ವವಲ್ಗುಶ್ಚಾತ್ರ ಕಾಸಾಂಚಿತ್ ಕುಂಡಲಾನಿ ಸುಭಾರ್ಚಿಷಾಂ ಮುಖಮಾರುತ ಸಂಸರ್ಗಾತ್ ಮಂದಂ ಮಂದಂ ಸುಯೋಷಿತಾಂ ಶರ್ಕರಾಸವಗಂಧೈಶ್ಚ ಪ್ರಕೃತ್ಯ ಸುರಭಿಸ್ಸುಖಃ ತಾಸಾಂ ವದನ ನಿಸ್ಯಾಸಃ ಶಿಷೇವೇ ರಾವಣಂತದಾ ರಾವಣಾನನ ಶಂಕಾಶ್ಚ ಕಾಶ್ಚಿದ್ರಾವಣಯೋಷಿತಃ ಮುಖಾನಿಸ್ವಸಪತ್ನೀನಾಂ ಉಪಾಜಘ್ರನ್ ಪುನಃ ಪುನಃ ಅತ್ಯರ್ಧಂ ಸಕ್ತ ಮನಸೋ ರಾವಣೇತಾವರಸ್ತ್ರಿಯಃ ಅಸ್ವತಂತ್ರಸ್ಸಪತ್ನೀನಾಂ ಪ್ರಿಯಮೇವಾಚರಂಸ್ತದಾ ಬಾಹೂನುಪನಿಧಾಯಾನ್ಯಾಃ ಪಾರಿಹಾಜ್ಯ ವಿಭೂಷಿತಾನ್ ಅಂಸುಕಾನಿ ಚ ರಮ್ಯಾಣಿ ಪ್ರಮದಾಸ್ತತ್ರ ಶಿಶಿರೇ ಅನ್ಯಾ ವಕ್ಷಸಿ ಚಾನ್ಯಸ್ಯಾಃ ತಸ್ಯಾಃ ಕಾಶ್ಚಿತ್ ಪುನರ್ಭುಜಂ अपरात्वङ्कमञ्जस्याः तस्याश्चाप्यपरा भुजौ ऊरुपार्श्वकटी पृष्ठम् अन्योन्यस्य समाश्रिताः परस्परनिविष्टाङ्गो मतस्नेहवशानुगाः अन्योन्यभुजसूत्रेण स्त्रीमालाग्रथिता हि सा मालेवग्रथिता सूत्रे सुशुभे मत्तषट्पदा लतानां माधवे मासि फुल्लानां वायुसेवनात् अन्योन्यमालाग्रथितं संसक्तकुसुमोच्चयं व्यतिवेष्टितसुस्कन्धम् अन्योन्यभ्रमराकुलम् आसीद्वनमिवोद्धूतं स्त्रीवनं रावणस्य तत् उचितेष्वपि सुव्यक्तं नतासां योषितां तदा विवेकस्य क्य आधातुं भूषणाङ्गाम्बरस्रजां रावणे सुखसंविष्टे ताः स्त्रियो विविधप्रभाः ज्वलन्तः काञ्चनादेपाः प्रैक्षन्तानिमिषाय वा राजर्षिपितृदैत्यानां गन्धर्वाणाञ्च योषितः राक्षसानाञ्च याः कन्याः तस्य कामवशङ्गताः युद्धकामेन ताः सर्वाः रावणेन वृता स्त्रियः समदा मदनेनैव मोहिताः काश्चिदागताः न तत्र काचित् प्रमदा प्रसह्य वीर्योपपन्नेन गुणेन लब्धा न चान्यकामापि न चान्यपूर्वा विना वरार्हां जनकात्मजान्तां न चाकुलीना न च हीनरूपा नादक्षिणानानुपचारयुक्ता भार्या भवत्तस्य न हीनसत्त्वा न चापि कान्तस्य न कामनीया बभूव बुद्धिस्तु हरीश्चरस्य यदीदृशी राघवधर्मपत्नी यमा यथा राक्षसराजभार्याः सुजातमस्येति हि साधुबुद्धेः पुनश्च सोचिन्तयदार्तरूपो ध्रुवं विशिष्टा गुणतो हि सीता अथायमस्यां कृतवान् महात्मा लङ्केश्वरः कष्टमनार्यकर्म इत्यार्षे श्रीमद् रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे नवमः सर्गः अथ श्रीमत्सुन्दरकाण्डे दशमः सर्गः तत्र दिव्योपमं मुख्यं स्फाटिकं रत्नभूषितम् अवेक्षमाणो हनुमान् ददर्श शयनासनं दान्तकाञ्चन चित्राङ्गैः वैदूर्यैश्च वरासनैः महारहास्तरणोपेतैः उपपन्नं महाधनैः तस्य चैकतमे देशे दिव्यमालाविभूषितं ददर्श पाण्डुरं छत्रं ताराधिपतिसन्निभं जातरूपपरिक्षिप्तं चित्रभानुसमप्रभं अशोकमाला विततं ददर्श परमासनं वालव्यजनहस्ताभिः वीज्यमानं समन्ततः गन्धैश्च विविधैर्दुष्टं वरधूपेन धूपितं परमास्तरणास्तीर्णं आविकाजिनसंवृतं दामभिर्वरमाल्यानां समन्तादुपशोभितं तस्मिन् जीमूतसङ्काशं प्रदीप्तोत्तमकुण्डलं लोहिताक्षं महाबाहुं महारजतवाससं लोहितेनानुलिप्ताङ्गं चन्दनेन सुगन्धिना सन्ध्यारक्तमिवाकाशे तोयदं सतटिद्गणं व्रतमाभरणैर्दिव्यैः सुरूपं कामरूपिणं सौरुक्षवनगुल्माढ्यं प्रसुप्तमिवमन्दरं क्रीडित्वापरतं रात्रौ वराभरणभूषितं प्रियं राक्षसकन्यानां राक्षसानां सुखावहं पेत्त्वाप्यपरतं चापि ददर्श समहाकपिः भास्वरे शयने वेरं प्रसुप्तं राक्षसाधिपं निःशसन्तं यथा नागं रावणं वानरर्षभः आसाद्यपरमोद्यग्नः सोपासर्पत्सुभीतवत् अथारोहणमासाद्य वेदिकान्तरमाश्रितः सुप्तं राक्षसशार्दूलं प्रेक्षते स्म महाकपिः शुशुभे राक्षसेन्द्रस्य स्वपतशयनोत्तमं गन्धहस्तिनि संविष्टे यथा प्रस्रवणं महत् काञ्चनाङ्गदसन्नद्धौ ददर्श स महात्मनः विक्षिप्तौ राक्षसेन्द्रस्य भुजागन्ध्रध्वजोपमौ ऐरावतविषाणाग्रैः आपीडनकृतौ व्रणौ वज्रोल्लिखितपेनांसौ विष्णुचक्रपरीक्षतौ पेनौ समसुजातांसौ सङ्गतौ बलसंयुतौ सुलक्षणनखाङ्गुष्ठौ स्वङ्गुलीतललक्षितौ संहतौ परिघाकारौ वृत्तौ करिकरोपमौ विक्षिप्तौ शयने शुभ्रे पञ्चशीर्षाविवोरगौ शिशक्षतजकल्पेन सुशीतेन सुगन्धिना चन्दनेन परार्ध्येन स्वनुलिप्तौ स्वलङ्कृतौ उत्तमस्त्रीविमुदितौ गन्धोत्तमनिषेवितौ यक्षकिन्नरगन्धर्वदेवदानविराविणौ ददर्शसकपिस्तस्य बाहूशयनसंस्थितौ मन्दरस्यान्तरे सुप्तौ महाकीरुषिताविव ताभ्यां सपरिपूर्णाभ्यां भुजाभ्याम राक्षसेश्वरः सुशुभे चल संकाशः श्रृंगाभ्यामिव मंदरः चूतपुन्नागसुरभिः वकुलोत्तम संयुतः मृष्टान्नरस संयुक्तः पानगंधपुरस्सरः तस्य राक्षस सिंहस्य निश्चक्राम महामुखात् शियानस्य विनिश्यासः पोरयन्निव तद्गृहं मुक्तामणि विचित्रेण काञ्चनेन विराजितं मुकुटेनापवृत्तेन कुण्डलोज्ज्वलिताननं रक्तचन्दनदिग्धेन तथा हारेण शोभिना पेनायत विशालेन वक्षसाभिविराजितं पाण्डुरेणापविद्धेन क्षौमेण क्षतजेक्षणं महारहेण सुसंवेतं पीतेनोत्तमवाससा माषराशि प्रतीकाशं निश्यसंतं भुजंगवत् गांगे महति तोयान्ते प्रसुप्तमिव कुञ्जरं चतुर्भिः काञ्चनैर्देपैः दीप्यमान चतुर्दिशं प्रकाशीकृत सर्वांगं मेघं विद्युद्गणैरिव पादं ओलगताश्चापि ददर्श सुमहात्मनः पत्नी सप्रिय भार्यस्य तस्य रक्षःपतेर्गृहे शशिप्रकाशवदनाः चारुकुण्डलभूषिताः अम्लानमाल्याभरणा ददर्श हर्योथवः नृत्तवादित्रकुशला राक्षसेन्द्रभुजाङ्कगाः वराभरणधारिण्यो निषण्णा ददृशे हरिः वज्रवैदूर्यगर्भाणि श्रवणान्त्येषु योषितां ददर्शितापनीयानि कुण्डलान्यङ्गदानि च तासां चन्द्रोपमैर्वक्त्रैः शुभैः ललितकुण्डलैः विरराजविमानं तत् नभस्तारागणैरिव मदव्यायामखिन्नास्ता राक्षसेन्द्रस्य योषितः तेषु तेष्वकाशेषु प्रसुप्ताः तनुमध्यमाः अङ्गहारैः तथैवान्या कोमलैः नृत्यशालिनी विन्यस्तशुभसर्वाङ्गी प्रसुप्ता वरवर्णिनी काचिद्वेणां परिष्वज्य प्रसुप्ता सम्प्रकाशते महानदी प्रकीर्णेव नलिनी पोतमस्य अन्या कक्षगतेनैव मड्डुकेनासिते क्षणा प्रसुप्ता भामिनी भाति बालपुत्रेव वत्सला पटहं चारु सर्वांगी पीड्यसेते शुभस्तनी चिरस्य रमणं लब्ध्वा परिष्वज्येव भामिनी काचिद्वंशं परिष्वज्य सुप्ता कमललोचना रहः प्रियतमं गृह्य सकामेव च कामिनी विपञ्चीं परिगृह्यान्या नियता नृत्यशालिनी निद्रावशमनुप्राप्ता सह कान्त्येव भामिनी अन्या कनकसङ्काशैः मृदुपेनैः मनोरमैः मृदङ्गं परिपीड्याङ्गैः प्रसुप्ता मत्तलोचना भुजपार्श्वान्तरस्थेन कक्षकेण कृशोदरी पणवेन सहानिन्द्या सुप्ता मदकृतश्रमा डिण्डिमं परिगृह्यान्या तथैवासक्तडिण्डिमा प्रसुप्ता तरुणं वत्सं उपगुह्येव भामिनी काचिदाडम्बरं नारी भुजसंयोगपीडितं कृत्वा कमलपत्राक्षी प्रसुप्ता मदमोहिता कलसीमपविध्यान्या प्रसुप्ता भातिभामिनी वसन्ते पुष्पशबला मालेव परिमार्जिता पाणिभ्याञ्च कुचौ काचित् सुवर्णकलशोपमौ उपगुह्या बला सुप्ता निद्राबलपराजिता अन्या कमलपत्राक्षी पूर्णेन्दुसदृशानना अन्या मालिंग्य शुश्रोणीं प्रसुप्ता मदविह्वला आतोद्यानि विचित्राणि परिष्वज्य वरस्त्रियः निपीड्य च कुचैः सुप्ताः कामिन्यः कामुकानिव तासामेकान्तविञ्जस्ते शयानां शयने शुभे ददर्शरूपसम्पन्नाम् अपरां स कपिस्त्रियं मुक्तामणिसमायुक्तैः भूषणैः सुविभूषितां विभूषयन्तीमिव तत्स्वश्रिया भवनोत्तमम् गौरीं कनकवर्णाभां इष्टामन्तःपुरेश्वरीं कपिर्मन्दोदरीं तत्र शयानां चारुरूपिणीं सतां दृष्ट्वा महाबाहुः भूषितां मारुतात्मजः तर्कयामास सीतेति रूपयौवनसम्पदा हर्षेण महता युक्तो ननन्दहर्योथपः आस्फोटयामास सुतुम्बपुच्छं ननन्दचिक्रीडजगौ जगाम स्तंभानरोहन निपपात भूमौ निदर्शयन स्वां प्रकृतिं कपीनां। ఈ శ్లోకం మళ్ళీ ఇంకోసారి చదువుతాను. ఆస్ఫోటయామాస చుచుంబ పుచ్చం ననంద చిక్రీడ జగౌ జగామ స్తంభానరోహన్ నిపపాత భూమౌ నిదర్శయన్ స్వాం ప్రకృతిం కపీనాం. ఇత్యార్షే శ్రీమద్ రామాయణే వాల్మీకీయే ఆదికావ్యే సుందరకాండే దశమ సర్గః.